सर्वेषां पाणिनिव्याकरणवर्गं प्रति स्वागतम्। आदौ मङ्गलाचरणं कुर्मः। येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनेये नमः। येन धौताग्गिरः पुंसां विमलैः शब्दवारिभिः तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। अस्तु, अदन्ताङ्गेषु परस्मैपदीधातूनां सिद्धप्रत्ययानां निर्माणम् इति विषयः पूर्वस्मिन् वर्गे एव आरब्धः। सर्वेषु लकारेषु मूलतिङ्प्रत्ययाः समानाः। गते वर्गे लट्टिप्रसङ्गे परस्मैपदीधातूनां विषये तिङ्प्रत्ययानां सिद्धिः सूत्राधारेण कथं भवति इति वयं पठितवन्तः। मूलतिङ्प्रत्ययस्य परिवर्तनं भूत्वा सिद्धतिङ्प्रत्ययस्य निर्माणं भवति। मूलतिङ्प्रत्ययस्य स्थाने कुत्रचित् प्रत्ययादेशाः भवन्ति। प्रत्ययादेशाः भूत्वा सिद्धप्रत्ययस्य निर्माणं भवति। पूर्वं लट्टिप्रसङ्गे पठितवन्तः, अद्य लोटिप्रसङ्गे तिङ्प्रत्ययानां सिद्धिः कथं भवति इति पठामः। अयं विषयः अपि पूर्वस्मिन् वर्गे एव आरब्धः। लोटिप्रसङ्गे बहवः प्रत्ययादेशाः सन्ति, लटिप्रसङ्गे केवलम् एकः एव प्रत्ययादेशः अस्ति, झोन्तः इति सूत्रेण झकारस्य स्थाने अन्तादेशः भवति इति एकः एव प्रत्ययादेशः अस्ति लटिप्रसङ्गे। लोटिप्रसङ्गे बहुभिः सूत्रैः बहुषु स्थलेषु प्रत्ययादेशाः भवन्ति इति अपि पठितम्। लोटिप्रसङ्गे पाठः तु गते वर्गे एव आरब्धः। अद्य सूत्राणां मध्ये बलाबलचिन्तनं कथमस्ति इति अपि परिशीलयाम। इत्युक्ते सूत्राणां प्रसङ्गे बाध्यबाधकभावः कथमस्ति इति अपि एकवारं परिशीलनं कुर्मः। मूलप्रत्ययस्य परिवर्तनं भूत्वा तस्य स्थाने भिन्नभिन्न आदेशाः भूत्वा सिद्धप्रत्ययानां निर्माणं भवति इति पठितं। लोटि के के आदेशाः भवन्ति इत्यस्मिन् विषये कानिचन सूत्राणि अपि वयं पठितवन्तः। अस्मिन् अवसरे एव तत्सम्बद्धानि सूत्राणि पठितवन्तः। अस्मिन् अवसरे प्रथमं सूत्रम् एरुः इति पठितं। सूत्रस्य अर्थः कः इति प्रश्ने सति, लोटः लस्य एः उः इति अनुवृत्तिसहितं सूत्रमस्ति। इत्युक्ते इदं सूत्रं लोट्लकारे एव कार्यं करोति। लोट्लकारे प्रत्ययस्य अन्ते यत्र यत्र इकारः अस्ति तस्य इकारस्य स्थाने उकारादेशः भवति इति अर्थः अस्ति। एरुः इति सूत्रस्य प्रसक्तिः बहुत्र अस्ति, किन्तु तस्य प्राप्तिः केवलं प्रथमपुरुषे एकवचने, प्रथमपुरुषे बहुवचने एव तस्य प्राप्तिः अस्ति। एरुः सूत्रस्य प्रसक्तिः सिप् इत्यत्रापि अस्ति, मिप् इत्यत्रापि अस्ति, किन्तु सिप् मिप् इत्यनयोः स्थलयोः तत्र अपवादसूत्रम् आगच्छति इत्यतः एरुः सूत्रस्य कार्यं न भवति। इत्युक्ते एरुः सूत्रस्य प्रसक्तिः बहुत्र अस्ति, किन्तु प्राप्तिः केषुचित् स्थलेषु एव अस्ति। इत्युक्ते यत्र यत्र अपवादसूत्रं नास्ति तत्र एव एरुः सूत्रस्य कार्यं भवति। सिप् मिप् इत्यत्र अन्यैः सूत्रैः एरुः इति सूत्रं बाधितं भवति, तावत् पठितम्। अपि च द्वितीयं सूत्रम् अस्माभिः पठितं गते वर्गे, तस्थसमीपां तान्तन्तामः इति सूत्रमपि वयं पठितवन्तः। तस्थसमीपां तान्तन्तामः इति सूत्रं नित्सुलकारेषु एव कार्यं करोति। इदं सूत्रं नित्लकारविशिष्टं कार्यम् इति वक्तुं शक्यते, किन्तु लोट्लकारः नित्लकारः नास्ति। यद्यपि इदं सूत्रं नित्सुलकारेषु एव कार्यं करोति, तथापि लोटिप्रसङ्गे अपि अस्य प्रसक्तिः अस्ति, प्राप्तिः अपि अस्ति। किमर्थम् इति प्रश्ने सति, तत्र लोटो लङ्वति इति एकम् अतिदेशसूत्रम् आगत्य साहाय्यं करोति। लोटो लङ्वति इति सूत्रं किं वदति, लोट्लकारः लङ् इव प्रवर्तते, लङ् लकारवत् लोट्लकारः प्रवर्तते। इत्युक्ते लोट्लकारः लङ् लकारः इव व्यवहरति इति अर्थः। यद्यपि लोट्लकारः नित् नास्ति, लोट् टित् अस्ति चेदपि, लोट् नित् नास्ति चेदपि लोट् लङ् इव प्रवर्तते। अतः तस्थस्थमिपां तान्तन्तामः इति सूत्रं लोटि अपि कार्यं कर्तुं शक्नोति। यद्यपि तत् कार्यं लङ् विशिष्टं कार्यमेव, तथापि लोटि अपि तस्य प्रसक्तिः प्राप्तिः भवति। तस्थस्थमिपां तान्तन्तामः इति सूत्रेण तस् स्थाने तामादेशः, थस् स्थाने तमादेशः, स्थास्थाने ता आदेशः भवति. एते आदेशाः त्रयः आदेशाः लङि अपि भवन्ति लोटि अपि भवन्ति, किन्तु मिप् स्थाने अम आदेशः न भवति. तत् कार्यं केवलं लङि एव भवति, न तु लोटि. मिप् स्थाने अम् आदेशः इति कार्यं विहाय अन्ये सर्वे आदेशाः लोटि अपि भवन्ति. लोटो लङ्वति इति अतिदेशसूत्रस्य कारणेन एव तस्थस्थमिपां तान्तन्तामः इति सूत्रं कार्यं कर्तुं शक्नोति. अस्मिन् प्रसङ्गे एव लोटो लङ्वति इति सूत्रमपि वयं पठितवन्तः. लोटो लङ्वत् इत्यस्मिन् सूत्रे लङ्वत् इति पदं दत्तमस्ति. तत् पदम् अव्ययपदमस्ति, तद्धितान्तं पदमस्ति. तस्मिन् पदे वति इति तद्धितप्रत्ययः अस्ति. वति तद्धितप्रत्ययः अनित्यः. वतिपदघटितम् अनित्यम्, वतिपदघटितं कार्यमनित्यम् इति अर्थः अस्ति. वतिप्रत्ययपदघटितं कार्यम् अनित्यम् इति अवगन्तुं शक्नुमः. अत्र लङ्वत् इति पदस्य विग्रहवाक्यम् इत्युक्ते न केवलं समासानां प्रसङ्गे, तद्धितान्तपदानां प्रसङ्गे अपि विग्रहवाक्यं वक्तव्यं भवति. लङ्वत् इति तद्धितान्तपदस्य विग्रहवाक्यं, लङ् इव इति वक्तुं शक्यते. लोट् लकारस्य प्रत्ययाः लङ् लकारः इव प्रवर्तन्ते इति अर्थः अस्ति. वति इत्यस्मिन् प्रत्यये इकारः उच्चारणार्थः, तत्र वत् इति एव अवशिष्यते. वति प्रत्ययस्य प्रसङ्गे उदाहरणमपि वयं पठितवन्तः. देवदत्तः ब्राह्मणवत् अधीते इति वाक्यमस्ति. तत्र देवदत्तः वस्तुतः ब्राह्मणः नास्ति, तथापि ब्राह्मणः इव सः अध्ययनं करोति इति अर्थः अस्ति. सः सर्वदा सर्वधा सर्वत्र तथा कार्यं करोति वा? न करोति. इत्यतः वतिप्रत्यये घटितं कार्यम् अनित्यम् इति अवगन्तुं शक्नुमः. इत्युक्ते वतिप्रत्ययपदघटितं कार्यं नित्यरूपेण न भवति, कदाचित् भवति कदाचित् न भवति इति अर्थः तत्र स्वीकर्तव्यः. एवमेव अत्रापि लङ्वत् इति कथनेन लोट् लकारः सर्वत्र सर्वदा लङ्वत् कार्यं करोति इति अर्थः न स्वीकर्तव्यः. लोटो लङ्वति इति सूत्रस्य कार्यम् अनित्यम् इति अवगन्तव्यम्. इत्युक्ते कदाचित् लोट् लकारः लङ्वत् प्रवर्तते, कदाचित् लोट् लकारः लङ् इव न प्रवर्तते. यत्र यत्र फलमपेक्षितं तत्र तत्र एव लोट् लकारः लङ् इव प्रवर्तते इति स्मर्तव्यः अंशः. तस्मिन् प्रसङ्गे वयं पञ्चसूत्राणि पठितवन्तः. नित्यं नितः इति एकं सूत्रमस्ति. नित्यं नितः इति सूत्रस्य कार्यं लोटि अपि भवति. लोटो लङ्वत् इति अतिदेशसूत्रस्य साहाय्येन लोट् लकारः लङ्वत् प्रवर्तते इत्यतः नित्यं नितः इति सूत्रस्य कार्यं लोटि अपि भवति. वस्तुतः इदं सूत्रं नित् लकारेषु एव कार्यं करोति. इत्युक्ते नित् विशिष्टं कार्यं भवति नित्यं नितः इति सूत्रेण. अनेन सूत्रेण नित् लकारेषु प्रत्ययस्य अन्ते स्थितस्य सकारस्य लोपः भवति. अतः एव उत्तमपुरुष द्विवचने बहुवचने वस् मस् इति प्रत्ययौ स्तः खलु, तत्र सकारस्य लोपः भवति. अतः आव आम इति सिद्धप्रत्ययानां निर्माणं भवति लोटि. तत्कार्यम् इत्युक्ते नित्यं नितः इति सूत्रस्य कार्यं लङि अपि भवति लोटि अपि भवति. तस्थस्थमिपां तान्तन्तामः सूत्रस्य कार्यमपि लङि भवति लोटि अपि भवति. तत्र मिप् आदेशं विहाय अन्ये त्रयः आदेशाः लोटि अपि भवन्ति. किमर्थं चेत् मिप् इत्यत्र मेरिणिः इति अपवादसूत्रम् आगत्य कार्यं कर्तुं शक्नोति. अतः नित्यं नितः तस्थस्थमिपां तान्तन्तामः इति सूत्रद्वयं लङि कार्यं कर्तुं शक्नुवन्ति, लोटि अपि कार्यं कर्तुं शक्नुवन्ति. अपवादसूत्रं नास्ति चेत् तयोः कार्यं भवति. अपि च अस्मिन्नेव प्रसङ्गे इतश्च सिजभ्यस्तविधिभ्यश्च लङ्घः शाकटायनस्यैव इति सूत्रत्रयमपि उक्तमस्ति. इतस्य इति सूत्रस्य कार्यं लङ्लकारे एव भवति, लोटि न भवति. इतश्च इति सूत्रेण नित् लकारेषु ह्रस्व इकारान्तप्रत्ययः अस्ति चेत् तत्र अन्ते स्थितस्य इकारस्य लोपः भवति. अतः एव लङ्लकारे प्रथमपुरुषे एकवचनरूपम् अभवत्, बहुवचनरूपम् अभवन् तयोः निर्माणावसरे इतश्च सूत्रेण इकारस्य लोपः भवति. इत्युक्ते इतश्च प्रसङ्गे किम् अवगन्तुं शक्नुमः? लोटो लङ्वत् इति सूत्रस्य कार्यम् अनित्यमस्ति, अतः इतश्च सूत्रस्य कार्यं लोटी न भवति इति अवगन्तुं शक्नुमः. केवलम् इतश्च सूत्रस्य प्रसक्तिः अस्ति लोटि, किन्तु तस्य प्राप्तिः नास्ति. एवमेव सिजभ्यस्तविधिभ्यश्च लङ्घः शाकटायनस्यैव इत्याभ्यां सूत्राभ्यां नित्सु लकारेषु, इत्युक्ते सिजभ्यस्तविधिभ्यश्च इति सूत्रं नित्सु लकारेषु कार्यं करोति लङ्गः शाकटायनस्यैव इति सूत्रं लङ्लकारे कार्यं कर्तुं शक्नोति. इदं सूत्रद्वयमपि लोटि कार्यं कर्तुं न शक्नोति. तत्र यद्यपि तयोः प्रसक्तिः अस्ति तथापि तस्य प्राप्तिः न भवति. अनेन किम् अवगन्तुं शक्नुमः? लोटो लङ्वति इति सूत्रस्य कार्यम् अनित्यम्, अतः सिजभ्यस्तविधिभ्यश्च लङ्घः शाकटायनस्यैव इत्याभ्यां सूत्राभ्यां लोटि कार्याणि न भवन्ति इति अवगन्तुं शक्नुमः. लोटो लङ्वत् कार्यम् अनित्यम् अतिदेशसूत्रम्. अतिदेशसूत्रस्य अनित्यत्वात् सर्वाणि लङ्गिकार्याणि लोटि न भवन्ति इति अत्र स्मर्तव्यः अंशः. लोटो लङ्वत् कार्यम् अनित्यम् इति कथं वक्तुं शक्यते? इत्युक्ते तस्य समर्थनार्थं तर्कः अस्ति वा इति प्रश्ने सति तस्य समर्थनार्थं तर्कद्वयम् उक्तमस्ति. अष्टाध्याय्याम् एकं सूत्रमस्ति, विदो लोटो वा इति सूत्रमस्ति. विदो लोटो वा इति सूत्रं लोटो लङ्वत् इति सूत्रात् पूर्वम् अस्ति. इदं पूर्वसूत्रमस्ति. विदो लोटो वा इत्यस्मिन् सूत्रे वा इति पदम् उक्तमस्ति. इत्युक्ते तेन सूत्रेण विकल्पेन रूपद्वयं सम्भवति. विदो लोटो वा इति सूत्रात् वा इति पदं लोटो लङ्वत् इत्यस्मिन् सूत्रे अपि अनुवृत्तं भवति चेत् तस्य प्रवृत्तिः, इत्युक्ते लोटो लङ्वत् सूत्रस्य प्रवृत्तिः विकल्पेन भवति इति एकं चिन्तनम् अस्ति. तदर्थमेव लोटो लङ्वत् सूत्रस्य प्रवृत्तिः कदाचित् भवति लङ्लकारः इव लोट्लकारः कदाचित् न प्रवर्तते इति. यत्र यत्र फलमपेक्षितं तत्र एव तस्य कार्यं भवति इति वक्तुं शक्नुमः. अन्ततो गत्वा अत्र पञ्चसूत्राणि प्रसक्तानि. पञ्चसु सूत्रेषु नित्यं नितः तस्थस्थमिपां तान्ततामः एतयोः सूत्रयोः कार्यं लोटि अपि भवति. प्रसक्तिः प्राप्तिः लोटि अपि अस्ति. किन्तु इतश्च सिजभ्यस्तविधिभ्यश्च लङ्घः शाकटायनस्यैव एतेषां त्रयाणां सूत्राणां प्रसक्तिः लोटि अस्ति किन्तु प्राप्तिः नास्ति. किमर्थं चेत् तेषां कार्यं लोटि अनावश्यकम्, अतः एतेषां सूत्राणां कार्यं लोटि न भवति. अपि च नित्विशिष्टानि कार्याणि सर्वाणि, लङ्विशिष्टानि कार्याणि सर्वाणि लोटि अपि भवन्ति चेत् तत्र अनिष्टरूपापत्तिः भवति. तदर्थं नित्विशिष्टानि लङ्विशिष्टानि सर्वाणि सूत्राणि लोटि केवलं प्रसक्तानि किन्तु सर्वेषां सूत्राणां प्राप्तिः न भवति. यथा मया उक्तं पूर्वं, यत्र यत्र फलम् अपेक्षितं, यत्र यत्र इष्टमस्ति अथवा इष्टरूपप्राप्त्यर्थं, तत्र एव लोट् लङ्वत् कार्यं करोति. यत्र फलम् आवश्यकं तत्र एव कार्यं भवति. लक्ष्यम् अनुसृत्य लक्षणम् उच्यते. फलमुद्दिश्य लोट् लकारः लङ् इव कार्यं करोति. लोट् लङ्वत् नित्यरूपेण कार्यं न करोति, विकल्पेन करोति. कदाचित् करोति, एकस्मिन् पक्षे करोति, केषुचित् स्थलेषु करोति, अन्येषु स्थलेषु लोट्लकारप्रत्ययाः लङ्लकारप्रत्ययाः इव कार्यं न कुर्वन्ति. तावत्पर्यन्तं वयं पठितवन्तः. अद्य लोटिप्रसङ्गे अपरेषां सूत्राणां चिन्तनं कुर्मः. अपि च सूत्रं किमर्थं तत्र कार्यं करोति इत्यस्मिन् विषये बलाबलचिन्तनमपि कुर्मः. इत्युक्ते बाध्यबाधकभावः इति वदामः, तस्मिन् प्रसङ्गे अपि किञ्चित् चिन्तनं कुर्मः. अद्य मेर्निः इति सूत्रात् आरभ्य पठामः. एकवारं करपत्रं पश्यन्तु. नीलं भगिनी, भवती एव आरम्भं करोतु.
प्रत्ययबिन्दु अस्ति लोटि, मी स्थाने नी आदेशः, तस्य कृते सूत्रम् अस्ति मेर्निः, तृतीयाध्याये चतुर्थपादे नव अशीतितं सूत्रं. लोट् लकारे मी इत्यस्य स्थाने नी आदेशो भवति. मेह षष्ठ्यन्तं, नीः प्रथमान्तं, द्विपदमिदं सूत्रं. लोटो लङ्वत् इत्यस्मात् सूत्रात् लोटः इत्यस्य अनुवृत्तिः. लस्य इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रं लोटः लस्य मेह्निः. मेर्नि इति सूत्रं तत्र लोट् लकारे तस्य लोट् लकारे एतस्य कार्यमस्ति, सूत्रस्य कार्यम्. सूत्रस्य अर्थः अस्ति तत्र मी इति प्रत्ययस्य स्थाने तत्र नी आदेशः भवति. तत्र अत्र सूत्रे मेह इति लिखितमस्ति, तत्र मी इति प्रातिपदिकं, तस्य मेहे षष्ठ्यन्तमिति पदम्, अनन्तरं नीः इति प्रथमान्तमस्ति. द्विपदमिदर्थ सूत्रम् अपि च अत्र पूर्वसूत्रात् लोटोः इति पदस्य अनुवृत्तिः अपि च एतत् सूत्रं लस्य इत्यस्य अधिकारे आयाति अतः तत्र लोटः लस्य मेहनीः इति भवति सो एतस्य सूत्रस्य प्रसक्तिः तत्र परस्मैपदीप्रत्ययेषु तत्र केवलम् एकमेव एकमेव प्रत्ययः अस्ति यत्र मि इति प्रत्ययः सो उत्तमपुरुष एकवचने तत्र म्युप् इति प्रत्ययः मूलः तत्र पकारस्य संख्या भूत्वा तत्र मी अवशिष्यते तस्य विषये एव एतत् सूत्रं महर्षिणा निर्मितम् अतः मी स्थाने तत्र नी आदेशः भवति लोटि लोट् लकारे
बहु सम्यक् उत्तमं भगिनि बहु सम्यक् इत्युक्ते इदम् इदं सूत्रं लोट् लकारे एव कार्यं करोति इदं लोट् विशिष्टं कार्यमस्ति मी प्रत्ययस्य स्थाने नी आदेशः भवति इत्युक्ते अस्य सूत्रस्य कार्यम् उत्तमपुरुष एकवचने एकस्मिन् स्थले एव अस्य कार्यमस्ति अन्यत्र कुत्रापि अस्य सूत्रस्य कार्यं न भवति अस्य सूत्रस्य कार्यं भवितुम् उत्तमपुरुष एकवचने एकस्मिन् स्थले एव अस्य सूत्रस्य कार्यं भवितुं कार्यक्षेत्रमस्ति इदानीं वयं सूत्राणां बलाबलचिन्तनं कुर्मः अथवा बाध्यबाधकभावः अस्य सूत्रस्य विषये कथमस्ति इति अवगन्तुं प्रयत्नं कुर्मः अत्र किमर्थं मेरिणिः इति सूत्रमेव कार्यं कर्तुं शक्नोति अस्मिन् स्थले कानि कानि सूत्राणि प्रसक्तानि इति प्रश्ने सति अत्र मिप् इति प्रत्ययस्य स्थले मिप् इत्यत्र चत्वारि सूत्राणि प्रसक्तानि भवती किञ्चित् वक्तुमिच्छति वा चत्वारि सूत्राणि कानि उत्तमपुरुष एकवचन मिप् प्रत्ययस्य प्रसङ्गे चत्वारि सूत्राणि प्रसक्तानि किन्तु मेरिणिः इति सूत्रस्य प्राप्तिः एव भवति
अत्र एकमस्ति अत्र इकारः अन्ते अस्ति अतः तत्र इतश्च इति सूत्रस्य प्रसक्तिः अपि च तत्र तस्थस्थमिपां तान्तं तामः इति सूत्रस्य अपि प्रसक्तिः
अपि च
तत्र स्थाने अम् आदेशः भवति सो तस्य सूत्र एरुः आं सत्यम् एरुः इत्यनेन तत्र इकारस्य उकारादेशः भवति तस्य सूत्रस्य अपि प्रसक्तिः
अन्ततो गत्वा मेर्निः इत्युक्ते तस्थस्थमिपां तान्तं तामः एरुः इतश्च मेरिणिः इमानि चत्वारि सूत्राणि अत्र प्रसक्तानि आदौ एरुः इति सूत्रस्य प्रसङ्गे भवती वदतु एरुः इति सूत्रस्य प्रसक्तिः अस्ति किन्तु तस्य प्राप्तिः अत्र किमर्थं न भवति अत्र किं चिन्तनम् अस्ति एरुः सूत्रस्य विषये एरुः सूत्रस्य कृते अन्यत्र लब्धावकाशः अस्ति वदतु
इत्युक्ते तत्र एरुः इति सूत्रं पश्यामः चेत् तत्र लोटी विषये तु एतत् सूत्रम् इत्युक्ते सामान्यनियमः इति वदामः औत्सर्गसूत्रं दृश्यते इत्युक्ते इकारः यत्र यत्र अस्ति लोट् लकारस्य प्रत्ययस्य इकारः अस्ति चेत् तस्य उकारादेशः भवतु यथा तत्र एकवचने भवति अपि च प्रथमपुरुष बहुवचने अपि भवति तु अपि च तत्र उ भवति परन्तु इदानीं तत्र अत्रापि प्रसक्तिः अस्ति मिप् मिप् विषये मी विषये परन्तु प्राप्तिः किमर्थं न भवति चेत् अत्र विशिष्टसूत्रम् इत्युक्ते अपवाद सूत्रम् अस्ति मेर्निः यदि मेर्निः इति सूत्र
इत्युक्ते अत्र उत्तमम् इत्युक्ते अत्र एरुः इति सूत्रस्य प्रसक्तिः अस्ति किन्तु एरुः सूत्रस्य कृते अन्यत्र अन्यत्र लब्धावकाशः अस्ति इत्युक्ते प्रथमपुरुष एकवचने प्रथमपुरुष बहुवचने तस्य कार्यक्षेत्रमस्ति तस्य प्राप्तिः अपि अस्ति इत्युक्ते तस्य कृते अन्यत्र अवकाशः अस्ति एवमेव तस्थस्थमिपां तान्तं तामः इति प्रसङ्गे वदतु
तत्रापि तत्र सूत्रस्य यदा तत्र मिप् स्थाने मिप् इति आदेशः अं भवति
इत्युक्ते अत्र तस्थस्थमिपां तान्तं तामः
कृते तत्र इत्युक्ते नित्सुलकारेषु कार्यं
भवति इत्युक्ते अन्यत्र कुत्र तस्य कृते कार्यक्षेत्रम् अस्ति तस्य सूत्रस्य कार्यं भवितुम् अन्यत्र कुत्र तस्य प्राप्तिः अस्ति
इत्युक्ते तत्र ये अन्यन्यत् लकाराः सन्ति तत्र तु एतत् सूत्रं सम्पूर्णतया कार्यं करोति, इत्युक्ते तत्र मिप् स्थाने अम् आदेशः भवति.
इत्युक्ते अत्र किं वक्तुं शक्नुमः, अत्र तस्य
लोटि न भवति, इत्युक्ते तत्र लङ् लकारे भवति,
भवति. अपि च
तस्यापि अपवादः मेर्
अपवादः इत्युक्ते अत्र त्रिषु स्थलेषु, इत्युक्ते तस् स्थाने ताम आदेशः, थस् स्थाने तम आदेशः, थ स्थाने त आदेशः, एवं रीत्या अनेन सूत्रेण अन्येषु त्रिषु स्थलेषु कार्यं भवितुम् अवकाशः अस्ति. अस्य सूत्रस्य कृते अन्यत्र लब्धावकाशः अस्ति, इत्युक्ते तस्य सूत्रस्य कार्यं भवितुम् अन्यत्र कार्यक्षेत्रम् अस्ति, तस्य प्राप्तिः अपि अन्येषु त्रिषु स्थलेषु अस्ति. एवमेव इतश्च सूत्रस्य कृते अपि, इतश्च सूत्रस्य कार्यं भवितुं लङ्लकारे अवकाशः अस्ति. प्रथमपुरुषे एकवचने, प्रथमपुरुषे बहुवचने, तत्र इतश्च सूत्रस्य प्राप्तिः भवति, इतश्च सूत्रस्य कार्यं लङ्लकारे भवति. आहत्य एतेषां त्रयाणां सूत्राणां कृते अन्यत्र अन्यत्र कार्यं भवितुम् अवकाशः अस्ति, कार्यक्षेत्रमस्ति, तेषां कृते अन्यत्र लब्धावकाशः अस्ति, किन्तु मेर्णिः सूत्रस्य कृते अन्यत्र लब्धावकाशः नास्ति. भवती वदतु.
मेर्णिः सूत्रं केवलं लोटि एव कार्यं कर्तुं शक्यते, कुत्रचित् अन्येषु लकारेषु कार्यं नास्ति मेर्णि इति अस्य. अपि च एकमेव प्रत्ययस्य विषये कार्यम् अस्ति, मि इति प्रत्ययस्य विषये, अतः तत्र अन्यत्र कुत्रापि लब्धावकाशः नास्ति, केवलं लोटि प्रसङ्गे अस्ति, अपि च मी स्थाने अस्ति, अतः एतत् अपवादसूत्रं त्रयाणां सूत्राणां कृते.
उत्तमम्. अत्र उत्तमपुरुष एकवचनस्थले, एकस्मिन् स्थले एव मेरिणिः इति सूत्रस्य कृते कार्यं भवितुम् अवकाशः अस्ति. अस्य सूत्रस्य कार्यम् अत्र न भवति चेत् अन्यत्र तस्य कृते अवकाशः नास्ति, तेन किं भवति, तत् सूत्रं व्यर्थं भवति, तथा मा भवतु इति अत्र आशयः अस्ति. अतः मेर्णिः इति सूत्रम् अपवादबलेन कार्यं करोति. तस्थस्थमिपां तान्तन्तामः, इतश्च एरुः इत्यादीनि सूत्राणि बाधितानि भवन्ति. एरुः सूत्रमपि बाधितं, तस्थस्थमिपां तान्तन्तामः इति सूत्रमपि मेर्णिः इति सूत्रेण बाधितं भवति. एवमेव इतश्च सूत्रमपि मेर्णिः इति सूत्रेण बाधितं भवति. एतेषां त्रयाणां सूत्राणां कृते अन्यत्र लब्धावकाशः अस्ति. मेर्णिः सूत्रस्य कृते एकमेव स्थलं प्राप्तं कार्यं कर्तुम्, अतः मेर्णिः इति सूत्रस्य प्राप्तिः अत्र अस्मिन् स्थले, मिप्पि इत्यस्मिन् स्थले अपवादबलेन भवति. निरवकाशः एव अपवादस्य बलं भवति इति वयं पठितवन्तः. निरवकाशत्वम् एव अपवादस्य लक्षणम् इति वक्तुं शक्नुमः. अत्र भवती उक्तवती खलु, मी इति प्रातिपदिकमस्ति, मी इति प्रातिपदिकात् मेः इति षष्ट्यन्तं रूपं साधितं, गते वर्गे अहम् उक्तवती. तत्र मी इति प्रातिपदिकम् इति कथनेन तत्र हरिशब्दस्य रूपाणि यथा वयं साधयामः, हरेः इति रूपं यथा वयं साधयामः, तथा एव अत्रापि साधयितुं शक्नुमः. अत्र किं वदामः, मी इति प्रातिपदिकमस्ति, मी इति प्रातिपदिकं स्वीकृत्य षष्टिविभक्ति एकवचनप्रत्ययः ञस् इति प्रत्ययः अस्ति. ञस् इत्यस्मिन् प्रत्यये ञकारः लशक्वतद्धिते इति सूत्रेण इत्संज्ञा भूत्वा तस्य लोपः भवति, अस् एव अवशिष्यते. मी योगः अस् इति स्थितिः अस्ति. तत्र एकेन विशिष्टसूत्रेण घेर्निति इति एकं सूत्रमस्ति, तेन सूत्रेण घिसंज्ञकशब्दस्य, मी इति घिसंज्ञकशब्दः, ह्रस्व इकारान्तशब्दः, अतः घिसंज्ञकशब्दः अस्ति. अपि च ञस् प्रत्ययः नित् प्रत्ययः, अतः घेर्णिति इति सूत्रेण गुणकार्यं भवति. पश्चात् नशि नसोश्च इति सूत्रं कार्यं करोति, तेन मेस् इति रूपं सिद्ध्यति. मेस् योगः अत्र नि, मेस् योगः नि इति रूपम् अस्ति. नि इति खर्वर्णः नास्ति इत्यतः अत्र ससजुषोरुः इति सूत्रेण ऋत्वं भूत्वा मेर् भवति, मेर् योगः निः, मेर् निः इति रूपं भवति. अत्र इतोपि किं वक्तुं शक्नुमः, मेर्णिः इति सूत्रेण नि आदेशः मि स्थाने नि आदेशः भवति इति ज्ञातमेव. अपि च अत्र अस्मिन् प्रत्यये मिप् इति प्रत्यये वस्तुतः मूले एव पित्वमस्ति, किन्तु एकेन विशिष्टसूत्रेण अत्र आडागमः भवति अपि च पुनः नित्वं प्रतिष्ठापितं भवति, पित्वं पित्वं स्थापितं भवति पुनः. वस्तुतः मिप् प्रत्ययः पित् प्रत्ययः एव, किन्तु एकेन विशिष्टसूत्रेण अत्र अस्मिन् स्थले आडागमः भवति अपि च आडागमः भवति आगमस्य अनन्तरम्, आडागमस्य अनन्तरं यः सिद्धप्रत्ययः निर्मितः भवति तस्मिन् सिद्धप्रत्यये पुनः पित्वं स्थापितं भवति. तत्सूत्रं किम् इत्युक्ते आडुत्तमस्य पिच्च, आडुत्तमस्य पिच्च इति सूत्रेण कार्यद्वयं भवति, न केवलम् आडागमः अपि च पित्वस्य अध्यारोपणं, पित्वस्य आरोपणं भवति.
जब बहुत सारे चल रहे ना तभी मेरा बोर्ड.
हाँ नीलम भगिनी भवती वक्तुम् इच्छति वा?
आम भगिनी तत्र एतत् आडुत्तमस्य पिच्च इति सूत्रं यद्यपि तत्र
पठित्वा वदतु, पठित्वा वदतु, अग्रे दत्तमस्ति पठतु.
चतुर्थबिन्दुः उत्तमपुरुषे आडागमः प्रत्ययानाम् आदौ आ इति युज्यते, पित्वम् आरोपितम्. सूत्रमस्ति आडुत्तमस्य पिच्च, तृतीयाध्याये चतुर्थपादे द्विनवतितमं सूत्रमस्ति. लोट् लकारस्य स्थाने लोट् लकारस्य लस्य स्थाने यः उत्तमपुरुष प्रत्ययः भवति तस्य आट् आगमो भवति अपि च तस्य पित्वं भवति. आद्यन्तो टकितो इत्यनेन आट् आगमः प्रत्ययात् प्राक् आयाति. आड् प्रथमान्तम्, उत्तमस्य षष्ठ्यन्तम्, पित् प्रथमान्तं च अव्यपदम्, अनेकपदमिदं सूत्रं. लोटो लङ्वत् इत्यस्मात् सूत्रात् लोटः इत्यस्य अनुवृत्तिः, लस्य इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं लोटः, लस्य, उत्तमस्य, आट्, पित् च. अत्र लोट् लकारे तत्र उत्तमपुरुष प्रत्ययानां कृते तत्र आट् आगमः भवति अनेन सूत्रेण. आट् आगमः तत्र टित् अस्ति, अतः आगमः टित् अस्ति चेत् यस्य आगमः तस्य आदौ स्थापनीयम्. अतः अत्र प्रत्ययानाम् आगमः, उत्तमपुरुष प्रत्ययानाम् आगमः अस्ति, अतः तत्र उत्तमपुरुषे ये मिप् वस् मस् प्रत्ययाः तेषाम् आदौ आ इति दीर्घ आकारः इति तत्र स्थापनीयम् अनेन सूत्रेण. अपि च अत्र पित्वम् अपि अध्यारोपिते, इत्युक्ते तेषां प्रत्ययानाम् उपरि तत्र पित्वम् अध्यारोप्यते चेत् तत्र गुणकार्यस्य तत्र गुण अपि च वृद्धिकार्यस्य तत्र प्रसङ्गः आयाति. यद्यपि तत्र मिप् मूले अपि पित् अस्ति, अतः तस्य विषये तु पित्वस्य कोऽपि प्रयोजनं नास्ति, परन्तु वस् मस् विषये तत्र पित्वं तत्र कुत्रचित् इष्टम्, अतः तत्र पित् इति अत्र लिखितम् आडुत्तमस्य पिच्च. अतः तयोः विषये तु पित्वं कुत्रचित् आवश्यकम्, अतः अनेन सूत्रेण तत्र पित्वम् अपि अध्यारोपिते, ते अपित् प्रत्ययाः. अतः एतदेव सूत्रमस्ति. यतः अन्यत् किम्?
उत्तमं, बहु सम्यक् भगिनि, उत्तमम्. अत्र सत्यभामा भगिनी भवती वदतु, आडुत्तमस्य पिच्च इति लिखितमस्ति खलु, आडुत्तमस्य आडुत्तमस्य इत्यत्र सन्धिकार्यमस्ति, भवती वदतु आडुत्तमस्य. आट् योगः उत्तमस्य,
अत्र जस्तु सन्धि
केन सूत्रेण?
छलाञ्जसन्धे.
उत्तमं, पिच्च इति पदं दत्तमस्ति, आडुत्तमस्य पिच्च, पिच्च इत्यत्र सन्धिकार्याणि सन्ति, वदतु.
तर्हि अत्र तकारः अस्ति, तकारस्य पित् इत्यत्र अत्र ह्रस्वकारात् परं तकारः अस्ति इति कारणात् सूत्रं किम् इति
अत्र अत्र चत्वारि सन्धिकार्याणि सन्ति आट् आट् योगः उत्तमस्य इत्यत्र झलां जशोन्ते इति सूत्रेण जस्त्वं भूत्वा आड् भवति आड् उत्तमस्य पिच्च पिच्च इत्यत्र पित् योगः च इति आदौ रूपमस्ति पित् योगः च इत्यत्र आदौ झलां जशोन्ति इति सूत्रेण जस्त्वं भवति तेन पिद् चकार पिद् योगः च इति रूपं भवति पश्चात् स्च्युत्वं भवति स्च्युत्वं भवति चेत् तत्र दकारस्य स्थाने चकारादेशः भवति पश्चात् खरिच इति सूत्रेण चर्त्वं भवति अन्ततो गत्वा तत्र जकारस्य स्थाने चकारादेशः भवति अन्ते पिच्च इति रूपं सिद्ध्यति इत्युक्ते त्रीणि सन्धिकार्याणि भवन्ति अत्र जस्त्वं स्च्युत्वं चर्त्वम् इमानि कार्याणि भूत्वा पिच्च इति रूपं सिद्ध्यति आद्यन्तौटकितो इति परिभा भवती वदतु
प्रथमं तकारस्य दकारः जातः पश्चात् स्तोः नास्तु इत्यनेन अत्र दकारस्य स्थाने जकारादेशः भवति खलु पश्चात् खरी च सूत्रेण जकारस्य चकारः जातः
एवमेव पिच्च इति रूपं सिद्ध्यति अत्र भगिनी उक्तवती एव आद्यन्तौ टकितौ इति परिभाषासूत्रं कथं साहाय्यं करोति अत्र
अत्र आद् इति आगमः टित् अस्ति तर्हि अत्र आद्यन्तौ टकितौ इत्यनेन टकितौ इत्युक्ते टित् आगमः आदौ भवेत् अनेन सूत्रेण
कस्य कस्य आदौ
प्रत्ययस्य आदौ
प्रत्ययस्य आदौ इत्युक्ते अत्र किं वक्तव्यम् इत्युक्ते अत्र आडुत्तमस्य पिच्च इति सूत्रेण अत्र आडागमः प्रत्ययस्य आगमः इत्युक्ते अयम् आगमः प्रत्ययस्य आगमः प्रत्ययस्य आगमः इति कारणतः प्रत्ययस्य आदौ आयाति अयम् आगमः यथा इडागमः इति वदामः इडागमः इत्यत्र इट् आगमः इति वदामः इट् आगमः प्रत्ययस्य आगमः एव अतः एव प्रत्ययस्य आदौ आयाति इडागमप्रसङ्गे वयं पठितवन्तः इट् आगमः अपि प्रत्ययस्य आगमः अतः प्रत्ययस्य आदौ आयाति अतः अत्र किं वक्तुं शक्यते अयम् आगमः प्रत्ययस्य आगमः अपि च टित् आगमः टित् आगमः सर्वदा आगमिनः आदौ आयाति इति प्रत्ययस्य आदौ आयाति इत्युक्ते यस्य शब्दस्य आगमः विधीयते तस्य आदौ आयाति इति व्याख्यानं दृष्ट्या वयम् अवगन्तुं शक्नुमः अपि च आदौ आडागमः भवति अनेन सूत्रेण अपि च सिद्धप्रत्यये पित्वमपि अध्यारोपितं भवति अनेन सूत्रेण यथा भगिनी उक्तवती मिप् वस् मस् एते त्रयः प्रत्ययाः सन्ति चेदपि अत्र मिप् इत्यस्मिन् प्रत्यये पूर्वमेव पित्वम् अस्ति इति कारणतः तत्र विशिष्टप्रयोजनं तु नास्ति किन्तु वस् इति वस् मस् इत्यनयोः स्थलयोः मूले पित्वं नास्ति अधुना अनेन सूत्रेण पित्वम् अध्यारोप्यते अतः अत्र किं वक्तुं शक्यते अनेन सूत्रेण कार्यद्वयं भवति कार्यद्वयं किम्
एकं तु अत्र पित्वस्य पित्वम् आरोपितं वर्तते अपि च अत्र आडुत्तमस्य पिच् इति कारणात् अत्र आट् इति आगमः अपि
भवति उत्तमम् एकं कार्यम् आडागमः द्वितीयं कार्यं पित्वस्य अध्यारोपणं सिद्धप्रत्यये पित्वस्य अध्यारोपणं सिद्धप्रत्ययस्य निर्माणानन्तरं सिद्धप्रत्यये पित्वम् अध्यारोपितं भवति अत्र आडागमः इति विधिः पित्वस्य अध्यारोपणम् इति अतिदेशसूत्रस्य लक्षणम् इत्युक्ते इदं सूत्रं न केवलं विधिसूत्रम् अतिदेशसूत्रमपि खलु इदं सूत्रं न केवलं विधिसूत्रम् अतिदेशसूत्रमपि अनेन सूत्रेण कार्यद्वयं भवति विधिः कः इत्युक्ते आडागमः अपि च गुणस्य आरोपः पित्वस्य आरोपः पित्वस्य आरोपणं भवति अध्यारोपणं भवति इत्यतः इदं सूत्रं विधिसूत्रम् अतिदेशसूत्रं च. अपि च इतोपि किमस्ति अत्र, वस् मस् इति अनयोः स्थलयोः मूलप्रत्यये पित्वं नास्ति, अनेन सूत्रेण द्वयोः प्रत्ययोः पित्वस्य अध्यारोपः भवति. पित्वम् अस्ति चेत् किं किं भवति तत्र?
गुणकार्यं भवितुमर्हति. गुणस्य निषेधः, पित्वमस्ति इति कारणात् ङित्वस्ति न इति.
उत्तमम्. इत्युक्ते अत्र प्रत्यये पित्वम् अस्ति चेत् तादृशप्रत्ययं निमित्तीकृत्य तत्र गुणकार्यं भवितुं शक्नोति खलु. सिद्धप्रत्यये पित्वस्य अध्यारोपणेन, सिद्धप्रत्यये पित्वस्य अध्यारोपणेन तत्र तादृशप्रत्ययं निमित्तीकृत्य तत्र गुणकार्यं भवितुमर्हति. अत्र आरोपितम् इति पदमस्ति. आरोपितम् इति कीदृशं पदम्?
शान्तरूपमस्ति. उपसर्गः वा?
उपसर्गः. तत्र तत्र इदं पदं किञ्चित् नूतनमस्ति, अतः वदन्ती अस्मि, चिन्ता मास्तु. अत्र तु धातुः रुः अस्ति. आरोहणम् आरोहणं जानाति खलु? आरोहणमिति ल्युडन्तपदमस्ति. अत्र आरोपयति आरोपयति इति लट्लकाररूपमस्ति. आरोपयति इत्यत्र आ उपसर्गः अस्ति, रुः धातुः अस्ति, णिच् प्रत्ययः अपि अस्ति. इत्युक्ते आरोपयति इति णिच् युक्तं लटीरूपम् आरोपयति. अत्र आरोपितम् इति णिच् युक्तं क्तान्तरूपम्. आ उपसर्गपूर्वक रुः धातुतः णिच् प्रत्ययस्य योजनेन, योजनात् परं क्तान्त् क्ताप्रत्ययस्य योजनमस्ति. तत्र आरोपितम् इत्यस्मिन् पदे रुः धातुः, णिच् प्रत्ययः, क्ताप्रत्ययः अस्ति. अतः अस्ति आरोपयति इति णिजन्तरूपम् अस्ति. आरोपितम् इति णिच् युक्तं क्तान्तरूपम् अस्ति. णिच् नास्ति चेत् किं रूपं सिद्ध्यति? श्रुतवती वा? अत्र धातुः रुः धातुः, रुः धातुः आ उपसर्गः अस्ति, रुः धातुः अस्ति, किन्तु णिच् नास्ति, क्तान्तरूपं वक्तव्यम्. आरूढः. होढः इति सूत्रं कार्यं करोति. आरूढः इति पदमस्ति. गीतायां बहुत्र तस्य प्रयोगः अस्ति. आरूढः इति क्तान्तरूपम् अस्ति. आरूढः इत्यस्मिन् णिच् नास्ति, किन्तु आरोपितम् इत्यस्मिन् णिच् अपि अस्ति. यद्यपि क्तान्तपदमेव, णिच् अपि अस्ति इति तत्र विषयः. अस्तु, अग्रे नित्यं नितः पञ्चमबिन्दुः भवती एव पठतु.
आं भगिनि. वस् मस् णित्सु लकारेषु लोटि च अनयोः स्थितस्य सकारस्य लोपः. वस् प्रत्ययस्य मस् प्रत्ययस्य णित् लकारेषु लोट्लकारे अपि णित्सु लकारेषु लोटि लोड्लकारे लङ् लकारे इति वा णित्सु इति उक्तं, तर्हि लङ् तादृश लङ् वितर्लिङ् तत्रापि अनयोः स्थितस्य सकारस्य लोपः इति उक्तं. नित्यम् इदः
णित्सु लकारेषु लोटि च इति उक्तमस्ति खलु. णित्सु लकारेषु लोटि च अनयोः सकारस्य लोपः. अग्रे पठतु.
नित्यं निदः तृतीयाध्यायस्य चतुर्थपादस्य नवनवतितमसूत्रं. निदः लकारस्य सकारान्त उत्तमपुरुषप्रत्ययस्य अन्त्यसकारस्य लोपः भवति. येन विधिस्तदन्तस्य इत्यनेन तादृशः उत्तमपुरुषप्रत्ययः यस्य अन्ते सकारः स्यात् अलोन्त्यस्य इत्यनेन अन्त्यस्य सकारस्य एव लोपः भवति, न तु पूर्णतया प्रत्ययस्य. नित्यं द्वितीयान्तं क्रियाविशेषणं निदः षष्ट्यन्तं पदं द्विपदम् इदं सूत्रं सा उत्तमस्य इति सूत्रस्य पूर्णतया इत्युक्ते तृतीयाध्यायस्य सा उत्तमस्य इति सूत्रस्य पूर्णतया अनुवृत्ति अस्मिन् सूत्रे इदश्च लोभः परस्मैपदेषु इत्यस्मात् लोभः इति शब्दस्य अनुवृत्तिः लस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति नितः लस्य सः उत्तमस्य नित्यं लोभः सूत्रस्य अर्थः एवम् अस्ति नित्लकारेषु सा उत्तमपुरुषप्रत्ययस्य सकारस्य नित्यं लोपः नित्यं निदः इति सूत्रेण निदः लकारस्य इति उक्तम् तर्हि नित्लकारेषु एव अस्य कार्यं भवति इत्युक्ते लङ् लकारे अस्य कार्यं भवति विधिर्लिङ् लकारे भवति अपि च लोटो लङ्वत् इत्यनेन लोट् लकारे अपि भवति खलु लोटि इति
उत्तमम् इत्युक्ते वस्तुतः इदं सूत्रं नित्सुलकारेषु कार्यं करोति इत्युक्ते नित्लकारविशिष्टं कार्यम् अनेन भवति लोट् नित् नास्ति चेदपि लोटो लङ्वति इति सूत्रेण लोट् लङ् लकारः इव प्रवर्तते इत्यतः अस्य प्रसक्तिः लोटि अपि अस्ति अस्य प्राप्तिः लोटि अपि अस्ति वदतु अपि च सूत्रान्तर्गतानि पदानि सूत्रान्तर्गतानि सर्वाणि पदानि स्वीकृत्य अनुवृत्तिसहितसूत्रं दृष्ट्वा सर्वाणि पदानि स्वीकृत्य भवती विवृणोतु
सम्पूर्णसूत्रमेवम् अस्ति निदः लस्य सः उत्तमस्य नित्यं लोपः इति तर्हि निदः इत्यनेन किम् उक्तम् इति चेत् ङित्सुलकारेषु इति उक्तं ङित्सुलकारेषु इत्युक्ते लङ्लकारः विधिर्लिङ्लकारः अपि च अत्र लोटो लङ्वत् इत्यनेन लोट् लकारः अपि अत्र अन्तर्भूतमस्ति तत् अपि च लस्य इत्यनेन लकारस्य स्थाने विधीयमानः प्रत्ययः अस्ति उत्तमपुरुषप्रत्ययः अपि तर्हि तादृशप्रत्ययस्य अन्ते यदि सकारः अस्ति चेत् तर्हि कुत्र अस्ति इति चेत् उत्तमपुरुष द्विवचनप्रत्ययस्य बहुवचनप्रत्ययस्य अन्ते अन्तिमसकारस्य नित्यं लोपः इति उक्तं नित्यम् इत्युक्ते सामान्यतः पश्यामः चेत् मस् पस् ए प्रत्ययः नितः नास्ति तदर्थमेव पूर्वतनसूत्रे अपि उक्तमस्ति आडुत्तमस्य पिच्छा इति सूत्रे ते तत्र पित्वं विधीयते इति उक्तम् इदानीं यद्यपि नित्लकारेषु इति उक्तं तदापि अत्र अनेन सूत्रेण तेषां लोपकार्यं विधीयते नित्यम्
इत्युक्ते लोटो लङ्वत् इति सूत्रस्य कारणेन इदं सूत्रं लोट् लकारे अपि कार्यं करोति सः लो अत्र सः लोपः इति लिखितम् अस्ति अत्र अस्मिन् सूत्रे प्रथमान्तं पदं किम् अस्ति
लोपः इति
कस्य लोपः
सकारस्य सकारः
इत्युक्ते अस्मिन् सूत्रे सः लोपः इति उक्तम् अस्ति इत्युक्ते सकारस्य लोपः कुत्र स्थितस्य सकारस्य लोपः उत्तमपुरुषप्रत्ययस्य अन्ते स्थितस्य सकारस्य लोपः नित्यरूपेण भवति इति उक्तमस्ति अपि च अस्य सूत्रस्य सूत्रसङ्ख्यां वदतु
तृतीयाध्यायस्य चतुर्थपादस्य नवनवतितमसूत्रं
तस्मात् पूर्वं किं सूत्रमस्ति स उत्तमस्य अस्ति खलु तस्मात् पूर्वम् अस्य सूत्रात् अस्मात् पूर्वं स उत्तमस्य इति सूत्रमस्ति खलु स उत्तमस्य सूत्रस्य सूत्रसङ्ख्यां वदतु
तद्याध्यायस्य चतुर्थपादस्य अष्टनवतितमं
सूत्रम् इदं नित्यं नितः इति नवनवतितमं सूत्रम्
अस्य सम्पूर्णतया अनुवृत्ति अस्मिन् सूत्रे
अस्ति उत्तमम् अत्र येन विधिस्तदन्तस्य सूत्रस्य प्रसङ्गः अत्र किमर्थमस्ति तत्सूत्रम् अत्र कथं साहाय्यं करोति
इत्युक्ते अत्र उत्तमपुरुषप्रत्ययस्य अन्ते सकारः अस्ति इति वयं जानीमः तर्हि येन विधिस्तदन्तस्य इति उक्तं खलु तेन येन विधि येन विशेषेण विधिः निर्देश्यते केवलं तस् विना तदन्तस्यापि इति अस्य सूत्रस्य आशयः अस्ति. अत्र अन्ते स्वस्य सकारस्य एव ग्रहणम् अनेन अनेन सूत्रेण तादृशं न वक्तुं शक्यते.
अत्र अत्रैव लिखितमस्ति तादृश उत्तमपुरुषप्रत्ययः, तादृश उत्तमपुरुषप्रत्ययः यस्य अन्ते सकारः अस्ति तस्य ग्रहणम् खलु. अलोङ्क्यस्य किं वदति अत्र?
अलोङ्क्यस्य सूत्रं किं वदति इति चेत् सम्पूर्णप्रत्ययस्य लोभः इति न, किन्तु केवलम् अन्तिमवर्णस्य अन्ते स्थितस्य सकारस्य इति उक्तं खलु, अस्य एव लोपः इति.
अन्ते स्थितस्य सकारस्य लोपः अस्ति भवति. नित्यम् इति क्रियाविशेषणं भवति इति उक्तमस्ति. नित्यम् इति नित्यं नितः, नित्यम् इति द्वितीयान्तं पदं क्रियाविशेषणं च. अस्मिन् सूत्रे विशेषतया किमर्थं नित्यम् इति उक्तमस्ति, अस्य प्रयोजनं किम् अस्ति, नित्यम् इति पदस्य प्रयोजनं किमर्थं नित्यम् इति पदम् अस्मिन् सूत्रे स्थापितमस्ति
इत्युक्ते नित्लकारेषु
केवलं सकारस्य लोपः भवति इति वदनेन का आपत्तिः, का समस्या भवति? केवलं नित्सुलकारेषु उत्तमपुरुषे यः सकारः अस्ति तस्य सकारस्य लोपः भवति इति वदनेन तत्र का आपत्तिः? नित्यम् इति पदस्य आवश्यकता का, तस्य प्रयोजनं किम् अस्ति, किमर्थं नित्यम् इति पदम् अस्मिन् सूत्रे स्थापितमस्ति?
केवलं
विशेषप्रयोजनम् अस्ति इत्यतः वदतु.
नित्यम् इति न उक्तं चेत् अत्र विकल्पेन इति अर्थः भवति वा?
अर्थः भवति खलु. तद् मास्तु, तद् मास्तु इति तथा मा भवतु. अस्मिन् सूत्रे तत्र किं चिन्तनमस्ति इति नीलं भगिनी भवती वक्तुमिच्छति वा, नो चेत् अहं वदामि.
अत्र भगिनी पूर्वसूत्रं पश्यामः चेत् तत्र एतत् एकं सूत्रम् अस्ति लोट् विदोः लोट् लटोः वा
त्री फोर् नैण्टि त्री पश्यतु. 3493 वैतोऽन्यत्र इति सूत्रमस्ति. वैतोऽन्यत्र इति सूत्रं पूर्वसूत्रमस्ति. वा एतः अन्यत्र इमानि पदानि तस्मिन् सूत्रे सन्ति. वैतोऽन्यत्र वदतु.
अस्तु, सो वा इत्यस्य अनुवृत्तिः सामान्यतया भवेत्, परन्तु अत्र तु कार्यं नित्यं न तु विकल्पेन, अतः अत्र वा इत्यस्य तत्र खण्डनं भवति. अनन्तरम् अपि तत्र नित्येन कार्यम् इत्युक्ते इतश्च इति नित्सुलकारेषु इकारस्य नित्येन लोपः भवति, परन्तु लोटो तु भिन्नविषयः, लोटि भिन्नविषयः, परन्तु नित्सुलकारेषु इतश्च इत्यनेन इकारस्य लोपः भवति. अतः अत्रापि नित्यम् इति यः पदमस्ति, अनन्तरम् एतस्मात् अनन्तरं सूत्रेषु तत्र नित्यम् इति तत्र अनुवृत्तिरूपेण आयाति, परन्तु इदं कार्यं विकल्पेन न अपि तु नित्येन भवेत्, अतः अत्र नित्यम् इति पदं
स्थापितं. बहु सम्यक्, उत्तमम्. अत्र पूर्वसूत्रमस्ति 3493 सूत्रमस्ति. वैतोऽन्यत्र इति सूत्रमस्ति. तस्मिन् सूत्रे वा एतः अन्यत्र इति पदानि सन्ति. तेन सूत्रेण विकल्पेन कार्यं भवति. तस्मात् सूत्रात् वैतोऽन्यत्र इति सूत्रात् आरभ्य सा उत्तमस्य इति सूत्रपर्यन्तं वा इति पदं प्रत्येकस्मिन् सूत्रे अनुवृत्तं भवति. सा उत्तमस्य इति सूत्रं नित्यं नितः इति सूत्रात् पूर्वम् अस्ति. सा उत्तमस्य इति सूत्रपर्यन्तं वैतोऽन्यत्र इति सूत्रात् वा इति पदम् अनुवृत्तं भवति इत्यतः सा उत्तमस्य सूत्रपर्यन्तं सर्वेषां सूत्राणां कार्याणि विकल्पेन भवन्ति. वैतोऽन्यत्र इति सूत्रात् इत्युक्ते पूर्वसूत्रात् नित्यं नितः इत्यस्मिन् सूत्रे अपि वा इति पदम् अनुवृत्तं भवति चेत् तत्र समस्या जायते. इदं कार्यं नित्यरूपेण भवति, अतः वा इति पदम् अनुवृत्तिरूपेण न आयाति अस्मिन् सूत्रे. तस्य पदस्य अनुवृत्तिः मा भूत्. वदतु
भगिनी. तर्हि सा उत्तमस्य इति सूत्रे वा इति पदस्य अनुवृत्तिः अस्ति खलु?
अस्ति.
इति कारणात् अत्रापि, अपि च अत्र साक्षात् नित्यम् इति अस्मिन् सूत्रे एव आरम्भं कृतम् अस्य पदस्य.
अस्तु, आम्. नित्यमिति पदं नित्यमिति पदं न स्थापितं चेत् अत्र अस्मिन् सूत्रे न स्थापितं चेत् वा इति पदस्य अनुवृत्तिः भवति स्म तथा मा भूत् वा इति पदस्य अनुवृत्तिः मा भूत् इति चिन्तयित्वा नित्यम् इति पदम् अस्मिन् सूत्रे स्थापितमस्ति. अनेन सूत्रेण कार्यं नित्यरूपेण भवति इत्यस्य स्पष्टीकरणार्थम् एवं नित्यमिति पदम् अत्र स्थापितमस्ति. अस्य कार्यं नित्यरूपेण भवति इति स्पष्टीकर्तुम् अत्र नित्यमिति पदं स्थापितमस्ति. अपि च वस् मस् अनयोः स्थलयोः अन्त्यस्थितस्य सकारस्य लोपः भवति, सः सकारलोपः नित्यरूपेण भवति. यद्यपि इदं कार्यं नित्विशिष्टं कार्यं नित्सुलकारेषु एव अनेन सूत्रेण कार्यं भवति, किन्तु लोटो लङ्वत् अतिदेश सूत्रस्य कारणेन लोटि अपि अनेन सूत्रेण वस् मस् इत्यनयोः स्थितस्य सकारस्य लोपः नित्यरूपेण भवति इति अत्र विषयः. अतः एव उत्तमपुरुष द्विवचनप्रत्ययः बहुवचनप्रत्ययः आव आम इति आयाति इति अत्र विषयः. अस्तु अग्रे सरेम. वीणा भगिनी अग्रे पठतु. सेर्हे पिच्च
आम् भगिनि.
षष्ठः बिन्दुः.
हा षष्ठः बिन्दुः मध्यमपुरुषस्य सिप् प्रत्ययस्य स्थाने हि इत्यादेशः अपित्वम् आरोपितम्. सेर्ह पिच्च तृतीय अध्याये चतुर्थपादे सप्त अशीतिः इति तमसूत्रम्. लोट् लकारस्य सि इत्यस्य स्थाने हि आदेशो भवति, स च हि अपित् भवति. सेः षष्ठ्यन्तं हि प्रथमान्तम् अपित् प्रथमान्तं च अव्ययपदम् अनेकपदमिदं सूत्रम्. लोटो लङ्वत् इत्यस्मात् लोटः इत्यस्य अनुवृत्तिः, लस्य इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं लोटः लस्य सेः हि अपित् च. अत्र मध्यमपुरुषे किं भवति इति दत्तम् अस्ति. अत्र सेर्यपिच इति सूत्रेण तत्र सेर्यसि इत्यस्य स्थाने हि आदेशः भवति, तथापि तत् अपित् अपि भवति इति दत्तम् अस्ति भगिनि. सेः इति षष्ठ्यन्तम् अस्ति, हि प्रथमान्तम्, अपित् प्रथमान्तम् तथा अव्ययपदम् अस्ति. लोटो लङ्वत् इत्यस्मात् लोट अनुवृत्तिसहितसूत्रम् अस्ति. लोटः लस्य सेः हि अपित् च. सेः इति षष्ठ्यन्तं, प्रहि इति प्रथमान्तं, तस्य स्थाने हि आदेशः भवति सेः स्थाने, तथापि तत् अपित् अपि भवति, आरोपितं भवति अत्र इति दत्तम् अस्ति भगिनि.
उत्तमम्. अनेन सूत्रेण कार्यद्वयं भवति. सिप् प्रत्ययस्य स्थाने हि आदेशः, अपि च तस्मिन् सिद्धप्रत्यये हि इति सिद्धप्रत्यये अपित्वमपि अध्यारोप्यते. अध्यारोपणम् इत्युक्ते सूपर् इम्पोस्ड् इति अर्थः अस्ति. इत्युक्ते
अतिदेशसूत्रम्. अतिदेशसूत्रम्
उत्तमम्. अतिदेशसूत्रम् इदं सूत्रं न केवलं विधिसूत्रम्, अतिदेशसूत्रमपि. अपित्वात् अपित्वस्य अध्यारोपणं भवति इत्यतः अतिदेशसूत्रम्, अपि च हि आदेशः भवति इत्यतः विधिसूत्रमपि, खलु?
आम् आम्.
उत्तमम्. सेह्यपिच्च इत्यत्र सन्धिकार्याणि सन्ति. सेः सेः इत्यत्र प्रातिपदिकं किम्?
सेः सि इति वा? सि
सि इति प्रातिपदिकं.
हरिशब्दवत्
हरिशब्दवत्. उत्तमं. सि इति प्रातिपदिकमस्ति, तस्य षष्ट्यन्तं रूपं सेः भवति. सेः हरेः इव षष्ट्यन्तं रूपं भवति. सेः इति पदस्य रूपसिद्धिः कथं भवति इति अहम् उक्तवती. अत्र ञस् प्रत्ययः अस्ति. सर्वाणि कार्याणि इत्युक्ते घेर्णिति अपि च नसिन सोश्च इत्यादीनां सूत्राणाम् आधारेण सेर् इति रूपं भवति. किमर्थं चेत् तत्र ससजुषोरुः इति सूत्रेण ऋत्वं भवति, अतः सेर् सेर् हि सेर् हि इति रूपं साधितम्. अपि च इत्यत्र किं किं सूत्रं कार्यं करोति? सन्धिकार्याणि वदतु. अपि च
अपित् प्रथमम् अपित् योग च सवर्गः अस्ति. तदनन्तरं झलाञ्झशोन्ते इति सूत्रेण चकारस्य स्थाने च च ज ज आदेशः भवति. ततः परः पुनः तत्र अपित् त खर् खर् वर्णः अस्ति परे, अतः त च पुनः एव च
भगिनी तत्र तत्र किं चिन्तनम् इत्युक्ते झलां जशोन्ते इति सूत्रेण जस्त्वं भूत्वा अपित् अपिद् भवति
अपिद् हा झलां जशोन्ते इति प्रथमं झलां जशोन्ते पदान्ते अस्ति इति कारणेन झलां जशोन्ते इति सूत्रेण अपिद् भवति अपिद् योग च अस्ति तथा तदनन्तरं खर्वर्णः अस्ति इति कृत्वा
अत्र किं वक्तव्यम् इत्युक्ते स्तोः स्चुनाश्चुः इति सूत्रेण इदानीं स्तुत्वं भवति
स्तुत्व भवति स्तुत्वः भवति श्च भवति अपिश्च भवति तदनन्तरं खरिच इति कारणेन भवति वा चर्त्वं भवति
चर्त्वं भवति इत्युक्ते आदौ जस्त्वं भवति तेन अपिद् इति रूपं सिद्ध्यति पश्चात् स्तोः स्चुनाश्चुः इत्यनेन दकारस्य स्थाने जकारः आयाति अपिज् इति रूपं भवति पश्चात् खरिच इति सूत्रेण चर्त्वं भूत्वा अपिच् जकारस्य स्थाने चकारः आयाति एवं रीत्या एव किमर्थं कार्याणि करणीयानि इत्युक्ते तत्र शास्त्रीयक्रमः अस्ति शास्त्रीयक्रमः तादृशः अस्ति इत्यतः एवं रीत्या एव सन्धिकार्याणि तत्र करणीयानि सेर्हि योगः अपि च इत्यत्र यण् सन्धिः अस्ति वदतु अत्र सेर्हि योगः अपि च
सेर्हि इकारान्तपरे इको एणचि इति सूत्रेण सेर्य इकारस्य स्थाने यकारः आदेशः भवति इको एणचि इति सूत्रेण इ अस्ति पूर्वपदान्ते तस्य परे अकारः अस्ति अतः तस्य स्थाने य आदेशः भवति भगिनी मला एकः भ्रमः अस्ति अत्र अपित् दकारः भवति वा झकारः भवति जस्त्वसन्धि भूत्वा
तकारस्य स्थाने दकारः भवति जस्त्वं भूत्वा
देन् जकार अपिज् कित किमर्थम् उक्तमस्ति भवती
तत्र स्तोहश्चुनाश्चुः तत्र चकारस्य प्रभावेण तत्र दकारस्य स्थाने जकारादेशः स्तुत्वं भूत्वा भवति
तत्र चकारः एव द्वित्वं न भवति वा तत्र जकारः आगच्छति प्रथमम् अस्तु
इत्युक्ते तत्र अपित् योगः च इत्यत्र त्रीणि सोपानानि सन्ति
अवगतं भगिनि मम भ्रमः आसीत् जस्त्वम् इति उक्त्वा जक द आगतं खलु किमर्थं ज इति मम भ्रमः
तत्र त्रीणि सन्धिकार्याणि सन्ति त्रीणि सोपानानि सन्ति प्रथमे सोपाने जस्त्वं भवति द्वितीये सोपाने स्तुत्वं भवति तृतीये सोपाने चर्त्वं भवति चर्त्वम् इति कथनेन तत्र खरिचसूत्रेण चकारः खर्वर्णः इत्यतः खरिचसूत्रेण अपिच् इति भवति अपिच्च वर्णमेलनेन अपिच्च इति रूपं भवति सेर्हि योगः अपिच्च इत्यत्र यण्सन्धिः भवति सेर्हि अपिच्च सेर्ह्यपिच्च इकारस्य स्थाने यकारादेशः अस्तु सेर्ह्यपिच्च इति सूत्रेण सिप् प्रत्ययस्य स्थाने हि आदेशः भवति तत्र किं वक्तुं शक्नुमः हि इति शब्दस्य प्रत्ययत्वं भवति तत्र इत्युक्ते सिप् प्रत्ययस्य सि प्रत्ययस्य स्थाने हि आदेशः भवति तस्मिन् प्रत्यये स्थानिवद्भावेन प्रत्ययत्वं सिद्ध्यति खलु इत्युक्ते सि इति प्रत्ययः अस्ति सि इति प्रत्ययस्य प्रत्ययत्वं स्थानिवद्भावेन हि इत्यस्मिन् अपि
प्रत्ययस्य गुणलक्षणः भवति किन्तु न भवेत् इति कारणेन तत्र अपित् इति उक्तम् अस्ति
न अत्र प्रत्ययत्वम् अस्ति प्रत्ययत्वं भिन्नम् अपित्वं भिन्नं खलु इत्युक्ते अत्र किं वक्तव्यं स्थानिवद्भावेन हि इति प्रत्ययस्य प्रत्यये प्रत्ययत्वम् आयाति किन्तु विशेषः कः इत्युक्ते हि प्रत्यये अपित्वमपि अध्यारोपितं भवति इति अत्र विषयः अस्तु अत्र सेर्ह्यपिच्च इति सूत्रं कार्यं करोति इति ज्ञातमेव किन्तु सूत्राणां बलाबलचिन्तनं कर्तुम् इच्छामः अथवा बाध्यबाधकभावः अत्र कथम् अस्ति सिप् इत्यस्मिन् स्थले कानि सूत्राणि प्रसक्तानि
सिप् इति गुणकार्यं भवति प्रथमं सार्वधातुक अर्धधातुकयोः इति सूत्रेण तत्र गुण
अत्र अत्र मम प्रश्नः मम प्रश्नः अत्र शेर्षपिच्च इति सूत्रस्य कार्यमेव किमर्थं भवति अत्र वस्तुतः अत्र त्रीणि सूत्राणि अन्यानि त्रीणि सूत्राणि अत्र प्रसक्तानि किन्तु तेषां प्राप्तिः न भवति इत्युक्ते अत्र एरुः सूत्रस्य प्रसक्तिः अस्ति किन्तु प्राप्तिः नास्ति किमर्थम्
एरुः इति सूत्रस्य प्रसक्तिः अस्ति किन्तु तस्य प्राप्तिः
नास्ति
नास्ति एरुः अत्र हि अपित् भवति नित्वत् भवति अतः गुणः न भवति तदेकम्
इत्युक्ते अत्र नीलं भगिनी भवती वदतु अत्र एरुः प्रसक्तिः किमर्थमस्ति
आं भगिनि तत्र लोट् लकारे तत्र प्रत्ययस्य अन्तिमिकारस्य उ आदेशः भवति सो अत्रापि प्रत्ययस्य अन्ते इकारः अस्ति सि इति अत्र अतः एरुः इति सूत्रस्य प्रसक्तिः अस्ति परन्तु प्राप्तिः न भवति
तथैव इतश्च वदतु
तथैव इतश्च इतश्च नित्सु लकारेषु तत्र इकारस्य लोपः भवति अतः लोटो लङ्वत् इत्यनेन तत्र लोटि लङ् अध्यारोपिते चेत् इतश्च इति सूत्रस्य प्रसक्तिः अत्रापि अस्ति परन्तु प्राप्तिः न भवति किमर्थं चेत् एतत् सूत्रम् अपवादसूत्रं सेहेर् पिच्
उत्तमम् इत्युक्ते एरुः सूत्रस्य कृते अन्यत्र अन्यत्र लब्धावकाशः अस्ति प्रथमपुरुषे एकवचने प्रथमपुरुषे बहुवचने तस्य कृते कार्यक्षेत्रम् अस्ति अतः तत्र तस्य प्राप्तिः भवति एवमेव इतश्च इति सूत्रस्य कृते अपि लङ्लकारे बहुत्र तस्य कार्यं भवितुं कार्यक्षेत्रम् अस्ति नित्सु लकारेषु इतश्च सूत्रस्य कार्यं भवितुं बहुत्र कार्यक्षेत्रम् अस्ति किन्तु सेर्ह्यपिच्च इति सूत्रस्य कृते अन्यत्र लब्धावकाशः नास्ति सेर्ह्यपिच्च इति सूत्रस्य कार्यं भवितुम् अत्र एव कार्यक्षेत्रम् अस्ति अस्य कार्यम् अत्र न भवति चेत् अन्यत्र तस्य कृते अवकाशः नास्ति अतः अत्र सेर्ह्यपिच्च इति सूत्रं कार्यं करोति अपवादबलेन खलु सिप् इत्यत्र अस्य सूत्रस्य कार्यं न भवति चेत् अन्यत्र सेर्ह्यपिच्च इति सूत्रस्य कृते कार्यक्षेत्रं नास्ति अपवादसूत्रस्य कार्यक्षेत्रं बहु लघु इति सेर्ह्यपिच्च इति सूत्रस्य कार्यम् अत्र एव भवितुं शक्नोति अन्यत्र तस्य कार्यं न भवति अपि च सेर्ह्यपिच्च इत्यस्मिन् सूत्रे इतोपि किञ्चित् उक्तम् अस्ति किम् उक्तं सेर्ह्यपिच्च इति सूत्रं वदतु
अपि च अत्र यथा भवती उक्तवती तत्र स्थानीवद् भावेन अनल्विदो इति परिभाषासूत्रम् अस्ति तेन सूत्रेण तत्र यस्य स्थाने यः प्रत्यादेशः भवति यः आदेशः प्रत्यादेशः भवति तस्य उपरि स्थाने ये गुणाः तेषाम् अध्यारोपणं भवति इत्युक्ते हि इत्यस्य न केवलं प्रत्ययगुणः आयाति अपि च पित्वम् अपि आयाति अतः अपित् इति लिखितम् अस्मिन् सूत्रे किमर्थं चेत् सिप् मूले पित् अस्ति अतः न केवलं हि इत्यस्मिन् तत्र प्रत्ययगुणः आयाति अपि च पित्वम् अपि आयाति अतः महर्षिणा किं लिखितम् अपित् अतः पित्वम् इति गुणः मा भूत् तस्य कृते एव अपित् इति पदम् अत्र दत्तं
बहु सम्यक् तदपि वक्तव्यं साधु भगिनी धन्यवादाः उत्तमम् अत्र स्थानिवद्भावेन वस्तुतः मूले सिप् प्रत्ययः पित् प्रत्ययः अस्ति किन्तु स्पष्टतया सूत्रे उक्तं चेदेव वयम् अवगन्तुं शक्नुमः अत्र यद्यपि मूले पित्वम् अस्ति तथापि अपित् इति वदनेन एव सः प्रत्ययः अपित् भवितुं शक्नोति अतः सेर्ह्यपिच्च इत्यस्मिन् अयं प्रत्ययः अपित् अपि भवति अस्मिन् प्रत्यये सिद्धप्रत्ययस्य निर्माणानन्तरम् अस्मिन् प्रत्यये अपित्वम् अध्यारोप्यते अयं प्रत्ययः अपित् भवति हि आदेशानन्तरम् अयं प्रत्ययः अपित् भवति इति स्पष्टतया उक्तमस्ति अपि च अत्र
एतदपि आदिदेशसूत्रमेव वा
अतिदेशसूत्रमेव खलु विधिसूत्रम् अत्रापि कार्यद्वयं भवति प्रथमं कार्यं किं अस्ति इत्यस्मिन् स्थाने हि आदेशः इति विधिः भवति. इदं सूत्रं न केवलं विधिसूत्रम् अतिदेशसूत्रमपि अस्मिन्
अपि च अत्र सि इत्यस्य षष्ट्यन्तरूपम् अस्ति खलु सेः इति
अस्ति. इदं सूत्रम् अतिदेशसूत्रमपि इत्युक्ते वस्तुतः मूले यदा यत्पित्वम् अस्ति तस्य स्थाने अपित्वम् अध्यारोप्यते अनेन सूत्रेण. अनेन सूत्रेण एव हि प्रत्ययः अपित् भवति इति अर्थः अस्ति. अपि च अत्र इतोपि किं ज्ञातव्यं, सेर्ह्यपि च इति सूत्रेण सि प्रत्ययस्य स्थाने हि आदेशः भवति, किन्तु अदन्तमङ्गमस्ति चेत् हि यथावत् तिष्ठति, किन्तु अनदन्तमङ्गमस्ति चेत् हि प्रत्ययस्य लोपः भवति इत्यपि अग्रे उक्तमस्ति. सप्तमः बिन्दुः इदानीं नरसिंहहेग्डे महोदय भवान् पठतु.
सप्तमबिन्दु अङ्गम् अदन्तं चेत् तस्य हि प्रत्ययस्य लोपः अतो हेः ह्रस्वकारात् अङ्गात् परस्य हि प्रत्ययः लुक् लोपः भवति. अतः पञ्चम्यन्तं हे षष्ट्यन्तं द्विपदमिदं सूत्रं चिणो लुक् इत्यस्मात् लुक् इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अत्र अङ्गात् भवति विभक्तिपरिणाम इति सिद्धान्तेन अनुवृत्तिसहितं सूत्रम् अतः अङ्गात् हे हे लुक् लोटि नवसु सिद्ध तिङ्प्रत्ययेषु हि प्रत्ययः एक एव यस्य रूपं परिवर्तते अङ्गस्य अदन्तम् अनदन्तं चेति अवलम्ब्य. अत्र अङ्गम् अदन्तं चेत् तत्र सेर्यपिच्च इत्यनेन सि स्थाने यत् हि अभवत् तस्य लोपः भवति लुक् भवति. अत्र केवलं लोटि नवसु सिद्धतिङ् प्रत्ययेषु इत्युक्ते प्रथमपुरुष मध्यमपुरुष उत्तमपुरुष नव मिलित्वा तत्र नवसिद्धतिङ् प्रत्ययाः सन्ति. तत्र हि प्रत्यय एक एव यस्य रूपं परिवर्तते अङ्गस्य अदन्तम् अनदन्तं च इति अवलम्ब्य. यथा अदन्तमङ्गं चेत् तस्य लोपः भवति, अनदन्तमङ्गं चेत् तत् हि प्रत्ययः तिष्ठति इति एतत् सूत्रं वदति. अनुवृत्तिसहितसूत्रमस्ति अतः अङ्गात् हे हे लुक् इति अस्ति महोदय.
उत्तमम्. अत्र अतो हे हे इति सूत्रेण अदन्ताङ्गात् परे स्थितस्य हि प्रत्ययस्य लुक् भवति. इदं सूत्रं किमर्थम् अङ्गाधिकारे स्थापितमस्ति, अङ्गस्य इत्यस्मिन् अधिकारे किमर्थं स्थापितमस्ति? किमर्थम् इत्युक्ते अत्र वदतु.
न भवति वदतु महोदय, सम्यक्तया न जानामि.
अङ्गं भवति खलु, अङ्गं भवति, धातोः अङ्गं भवति.
इत्युक्ते अत्र आशयः कः, वयं सर्वे अत्र प्रत्ययादेशानां प्रसङ्गे पठन्तः स्मः. अनेन सूत्रेण प्रत्ययादेशः भवति इति अर्थः नास्ति. अनेन सूत्रेण प्रत्ययादेशः भवति इति अर्थः नास्ति. अत्र अनेन सूत्रेण अङ्गमाश्रित्य कार्यं भवति. अङ्गमाश्रित्य इत्युक्ते अदन्त तत्र अङ्गम् अदन्तमस्ति वा अङ्गम् अनदन्तमस्ति वा इति आश्रित्य एव अनेन सूत्रेण कार्यं भवति. अनेन सूत्रेण केवलं प्रत्ययादेशः भवति इति अर्थः न वक्तव्यः. तत्र ह्रस्व अकारान्तम् अङ्गमस्ति चेत् इत्युक्ते ह्रस्व अकारान्तम् अङ्गम् इति कथनेन अदन्तम् इति अर्थः अस्ति. अदन्तम् इत्यत्र बहुव्रीहिसमासः अस्ति खलु, अत् अन्तं यस्य तत् इति अस्ति खलु विग्रहवाक्यम्. अदन्तम् इत्यत्र ह्रस्व अकारान्तम् अङ्गमस्ति चेत्, तादृशम् अङ्गमस्ति चेत् हि प्रत्ययस्य लुक् भवति इति उक्तमस्ति. इत्युक्ते अङ्गमाश्रित्य इदं कार्यं भवति. अतः इदं सूत्रम् अङ्गाधिकारे स्थापितमस्ति. तत्र अङ्गमाश्रित्य इति कथनेन अङ्गम् अदन्तमस्ति वा अनदन्तमस्ति वा इत्यस्य आधारेण तत्र हि प्रत्ययः तिष्ठति वा हि प्रत्ययस्य लुक् भवति वा इति अवगन्तुं शक्नुमः. महोदय भवान् वदतु, अदन्तमङ्गं केषु केषु गणेषु सिध्यति?
अदन्तमङ्गं द्वादिगणे, सुदादिगणे, चुरादिगणे, अनन्तरं द्विवादिगणे भवति.
उत्तमं. चतुर्षु गणेषु अदन्तमङ्गं सिध्यति. भुवादिगणे भव इति अदन्तमङ्गं, द्विवादिगणे नश्य इति अदन्तमङ्गं, तुदादिगणे तुद अथवा चल इति अदन्तमङ्गमस्ति, चुरादिगणे चोरय इति अदन्तमङ्गमस्ति. एतेषु चतुर्षु गणेषु अङ्गम् अदन्तमस्ति. अपरेषु षट्सु गणेषु अङ्गम् अनदन्तमस्ति. अपरेषु षट्सु गणेषु हि प्रत्ययः तिष्ठति. अदन्त अङ्गेषु एव अतो हेः इति सूत्रेण हि प्रत्ययस्य लुक् भवति. अनदन्तम् अङ्गं येषु येषु गणेषु अस्ति तेषु गणेषु हि प्रत्ययः तिष्ठति. अनदन्त अङ्गेषु हि प्रत्ययस्य लुक् न भवति इति अर्थः. अस्तु, अत्र अदन्त अङ्गेषु अनदन्त अङ्गेषु सिद्धप्रत्ययानां विषये कुत्र भेदः दृश्यते इति प्रश्ने सति, केवलं हि प्रत्ययस्य विषये एकः विषयः एव तत्र एव भेदः दृश्यते. इत्युक्ते अनदन्त अङ्गेषु सिद्धप्रत्ययानां सिद्धप्रत्ययान् पश्यामश्चेत्, अदन्त अङ्गेषु अनदन्त अङ्गेषु सिद्धप्रत्ययान् पश्यामश्चेत् कुत्र भेदः दृश्यते इति प्रश्ने सति, हि प्रत्ययस्य विषये एकस्मिन् स्थले एव भेदं द्रष्टुं शक्नुमः. अपि च अत्र अतो हेः इति सूत्रं अङ्गमाश्रित्य भवति इति, अदन्तमङ्गम् अथवा अनदन्तमङ्गम् इति अङ्गमाश्रित्य भवति इति कारणतः अङ्गस्य इत्यस्मिन् अधिकारे स्थापितमस्ति. अतः एव इदं सूत्रं षष्ठाध्याये स्थापितमस्ति. षष्ठाध्याये अङ्गस्य इति अधिकारसूत्रमस्ति, अतः षष्ठाध्याये स्थापितमस्ति. किन्तु प्रत्ययादेशानां प्रसङ्गे सर्वाणि सूत्राणि तृतीयाध्याये सन्ति. वयं सर्वे प्रत्ययादेशानां प्रसङ्गे पठन्तः स्मः. प्रत्ययादेशसम्बद्धानि सूत्राणि सर्वाणि तृतीयाध्याये स्थापितानि, किन्तु इदं सूत्रं तत्र न स्थापितम्. इदं सूत्रम् अतो हेः इति सूत्रं षष्ठाध्याये अङ्गस्य इत्यस्मिन् अधिकारे स्थापितमस्ति. किमर्थम् इति प्रश्ने सति, अङ्गमाश्रित्य अस्य कार्यं भवति इति एकः विषयः. पूर्वम् अहम् उक्तवती एव, झोन्तः इति सूत्रम् अपि अङ्गाधिकारे स्थापितमस्ति, किन्तु तत् सूत्रम् अङ्गकार्यं न करोति. झोन्तः इति सूत्रेण प्रत्ययादेशः एव भवति, अङ्गकार्यं न भवति झोन्तः सूत्रेण. किन्तु झोन्तः सूत्रम् अङ्गाधिकारे स्थापितमस्ति, अङ्गस्य इत्यस्मिन् अधिकारे स्थापितं चेदपि झोन्तः इति सूत्रेण प्रत्ययादेशः एव भवति, न तु अङ्गकार्यम्. तत्र प्रत्ययमाश्रित्य कार्यं किमपि नास्ति, केवलं झकारस्य स्थाने अन्तादेशः इति प्रत्ययादेशः एव भवति. किन्तु किमर्थं तत्र स्थापितम् इत्युक्ते, अनुवृत्त्यर्थम्, अनुवृत्तिवशात् झोन्तः इति सूत्रम् अङ्गाधिकारे स्थापितमस्ति इति तत्र विषयः. अतो हेः इति सूत्रे चिणो लुक् इति सूत्रात् लुक् इत्यस्य अनुवृत्तिः अस्ति. महोदय भवान् वदतु, अनुवृत्तिसहितसूत्रं दृष्ट्वा किञ्चित् वदतु.
अतः अङ्गात् हे लुक् इति अस्ति अनुवृत्तिसहितसूत्रम्. इत्युक्ते अतः इत्युक्ते तत्र
अदन्तमङ्गम्
अदन्तमङ्गं तत्र अङ्गात् पञ्चमी इत्युक्ते तत्परे परकार्यं तत्र हे 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 इति हि इत्यस्य षष्टि स्थाने अस्ति, अतः तस्य लुक् इति भवति. लुक् इति प्रथम तत्र कार्यं भवति, तत्र स्थाने लुक् इति आदेशः भवति. स्थानिन स्थाने हि इत्यस्य स्थाने लुक् भवति इत्युक्ते हि इत्यस्य लोपः भवति इति. अत्र अदन्तात् अङ्गात् परे पञ्चमी विभक्ति.
उत्तमं. लुक् प्रसङ्गे किञ्चित् वदतु.
लुक् इति एकं नाम अस्ति लोपस्य. तत्र आदि तत्र आदिप्रभृतिशप इति वयं दृष्टवन्तः तत्र अदादिगणे. तत्रापि स्वीकरणप्रत्ययस्य लोपः भवति लुक् इत्यनेन. अनन्तरं ज्योत्यादिगणे श्लू इत्यनेन तत् केवलं लोपस्य नाम अस्ति लुक् श्लू इति इत्यादि.
उत्तमम्. अत्र उत्तमं महोदय. अदर्शनं लोपः, अदर्शनं लोपः इति एकं सूत्रमस्ति, तत्र लोपसंज्ञासूत्रमस्ति. अदर्शनम् एव लोपः, अदर्शनं लोपः इत्युक्ते एकस्य शब्दस्य अदर्शनं भवति इति वदामश्चेत् तत्र अदर्शनं इत्यस्य अर्थः कः इत्युक्ते अश्रवणम् अनुच्चारणम् इति अर्थानपि गृह्णाति. इत्युक्ते अदर्शनम् इत्युक्ते अश्रवणम् अनुच्चारणम् इति अर्थः अपि अस्ति. अदर्शनं लोपः इति एकं संज्ञासूत्रमस्ति. अपि च लोपकार्यं, लोपकार्यं वक्तुं प्रत्ययस्य लोपनिर्देशार्थं तिस्रः संज्ञाः उक्ताः व्याकरणे. तिस्रः संज्ञाः प्रयुज्यन्ते व्याकरणे लोपनिर्देशार्थं. लोपनिर्देशार्थं तिस्रः संज्ञाः सन्ति लुक्कु श्लू लुप्. प्रत्ययस्य लुक् श्लू लुपः इति एकं सूत्रमस्ति. प्रत्ययस्य लुक् श्लू लुपः इति सूत्रेण, इति सूत्रेण लोपनिर्देशार्थम् एताः तिस्रः संज्ञाः उपयुज्यन्ते. अत्र लुक् इति शब्देन हि प्रत्ययस्य लोपः भवति. लुक् इति एकप्रकारकलोपः. अत्र नीलं भगिनी भवती वदतु अस्मिन् प्रसङ्गे, लुक् प्रसङ्गे.
तत्र सूत्रमस्ति भगिनि प्रत्ययस्य लुक् श्लू लुप् स्वलोपः, लोपः इति तत् अनुवर्तते. सो प्रत्ययस्य यः लुक् अथवा श्लू अथवा लुप् भवति तत्र लोपः एव, परन्तु तत्र विशिष्टकार्यं भवति. इत्युक्ते तत्र अनन्तरम् अस्ति नलुमताङ्गस्य. सो यत्र लोपकार्यं लुप् इत्यनेन जायते, इत्युक्ते लुप् श्लुप् श्लू अपि च लुप् अस्ति, तत्र अङ्ग तत्र अङ्गकार्यं न भवति. इत्युक्ते प्रत्ययस्य लोपे प्रत्ययस्य लक्षणं प्रथमे अस्ति. सो यदा प्रत्ययस्य लोपः भवति तत्र प्रत्ययस्य लक्षणं तिष्ठति, परन्तु इदानीं तत्र यः लोपकार्यं लुप् अप् अथवा लुक् अथवा श्लू इत्यनेन जायते चेत् तत्र यद्यपि लक्षणम् आयाति परन्तु अङ्गकार्यं निषिध्यते. अतः तत्र विशिष्टसूत्रं महर्षिणा दत्तम्. अपि च तत्र यदा तत्र प्रत्ययस्य श्लू भवति, वयं जानीमः तत्र श्लौ इत्यनेन तत्र द्वित्वकार्यम् अपि भवति,
जुहोत्यादिभ्यः श्लुः. जुहोत्यादिभ्यः श्लुः, महोदयेन उक्तमेव अदिप्रभृतिभ्यः लुक् इति सूत्रमस्ति. किन्तु अत्र चिणो लुक् इति पूर्वसूत्रात् लुक् इति पदम् अस्मिन् सूत्रे अनुवृत्तं भवति. चिणो लुक् इति सूत्रात् लुक् आयाति. अत्र हि प्रत्ययस्य लुक् भवति अनेन सूत्रेण अदन्ताङ्गेषु इति अत्र विषयः अस्ति. अस्तु महोदय, भवानेव पठतु अग्रिमं सूत्रं. तुह्यो सातङ्ग आशिष्यन्यतरस्याम्.
तुह्यो तिप् तिप् इत्यनयोः स्थाने विकल्पेन तात् आदेशः. तुयो स्तातङ्ग आशिष्यन्यतरस्यां, तु हि इत्यनयोः स्थाने विकल्पेन तात् आदेशः भवति आशीर्वादर्थे. गमो रस्वादचि गमो नित्यम् इत्यनेन प्रकृतसूत्रे तातङ्ग् इति पदात् नुट् आगमः. तुश्च हिश्च तयोरितरेतरद्वन्द्वः तु हि तयोः तुयोः तुह्योः षष्ठन्तं तातङ्ग् प्रथमान्तम् आशिषि सप्तम्यन्तम् अन्यतरस्यां सप्तम्यन्तम् अनेकपदमिदं सूत्रम्. अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिशेष सूत्रम्. अङ्गस्य तुयोः तातङ्ग् आशिषि अन्यतरस्याम्. अत्र एतत् सूत्रेण प्रथमतया तत्र अन्यतरस्याम् इति दत्तमस्ति. तत्र इत्युक्ते वयम् अवगन्तुं शक्नुमः एतत् विकल्पेन कार्यं करोति. तु इति प्रथमपुरुष प्रथम एकवचनप्रत्ययः, अनन्तरं मध्यमपुरुष एकवचनप्रत्ययः हि इति. तयोः स्थाने विकल्पेन तात् आदेशः भवति आशीर्वादार्थे, यदि आशीर्वादार्थे अस्ति चेदेव, अन्यथा नास्ति. नमोडस्वादचिनमो नित्यम् इत्यनेन प्रकृतसूत्रे तातङ्ग् इति पदात् नुट् आगमः. तत्र तातङ्ग् इति तत्र नकार इत्संज्ञक अस्ति, अतः तत्र यत् आदेशः भवति तातङ्ग् इति तत् अपि भवति नीति च इति सूत्रे. तदपि अवगन्तव्यं
महोदय. अत्र सन्धिकार्याणि वदतु.
तू हि अत्यत्र यण् सन्धि ह्यो अनन्तरं तुय्योः तातङ् तत्र विसर्गसन्धि भवति तत्र तातङ् आशिषि तत्र नमुडागमसन्धि तत्र आशिषि अन्यत्र स्याम् अत्र यण् सन्धि तदेव महोदय
बहु सम्यक्
तत्र अनुवृत्तिसहितसूत्रमस्ति अङ्गस्य तुयोः तातङ् आशिषि कनितरसाम् आशीर्वादार्थे विकल्पेन तु अनन्तरं हि स्थाने तातङ् इति आदेशः भवति एतत् लोट् लकारे भवति
ध्वनिः अस्ति सुजाता भगिनी भवती अवगतवती खलु सन्धिकार्याणि एकवारं वदतु अत्र तु ह्योः इत्यत्र कः सन्धिः अस्ति तु ह्योः इत्यत्र
तु ह्योः यण् सन्धिः अस्ति
उत्तमं तु ह्योः तातङ् इत्यत्र
तु ह्योः तातङ्
विसर्गस्य स्थाने सकारादेशः विसर्गसन्धिकार्यं अत्र तुह्योस्तातङ् आशिषि इत्यत्र तुह्योस्तातङ् योगः आशिषि इत्यत्र
आशिषि नकारस्य स्थाने
अत्र एव नमुडागमसन्धिः आयाते नमो ह्रस्वादचि नमुन्नित्यं नमुट् आगमः भवति अनेन सूत्रेण नमुट् आगमः भवति किन्तु अत्र ण्यकारः अस्ति इति कारणतः न्युट् आगमः भवति न्युट् न्युट् इति कथनेन कख गघ ञ अस्ति इत्युक्ते कवर्गीय अन्तिम अनुनासिकव्यञ्जनम् अत्र द्विवारं दृश्यते खलु सूत्रे तत्र द्विवारं किमर्थम् आयाति इति प्रश्ने सति तत्र नमुडागमसन्धि कार्यं भूत्वा नमो ह्रस्वादचि नमुट् नित्यम् इति सूत्रेण सन्धिसूत्रेण अत्र न्युट् आगमः भवति आगमः इति कथनेन नूतनतया अन्यः ण्यकारः नूतनतया अत्र आयाति इत्युक्ते मित्रवत् आगमः शत्रुवत् आदेशः मित्रवत् आगमः इति नियमेन अत्र न्युट् आगमः भवति अतः अस्मिन् सूत्रे द्वितीयवारं ण्यकारस्य आगमनं दृश्यते आशिषि अन्यतरस्याम् इत्यत्र
आशिषि अन्यतरस्याम् आशिषि अन्यतरस्यां यण्सन्धिः भवति
यण्सन्धिः भवति अपि च भवती जानाति खलु व्याकरणे यत्र कुत्रापि अन्यतरस्यां वा विकल्पेन विभाषा अथवा वैयाकरणस्य नाम दृश्यते चेत् तत्र कार्यं विकल्पेन भवति तत्र रूपद्वयं सिध्यति इति वक्तुं शक्नुमः अन्यतरस्यां वा विकल्पेन विभाषा अथवा वैयाकरणस्य नाम सूत्रेषु पश्यामश्चेत् तत्र विकल्पेन कार्यं भवति एतेषां पदानां योगे तत्र विकल्पेन कार्यं भवति इति अवगन्तुं शक्नुमः तातङ्गादेशः कीदृशः वदतु
तातङ्ग अन्यतरस्यां विकल्पेन
भवति कुत्र
मध्यमपुरुष एकवचनं प्रथमपुरुष एकवचनं
तु स्थाने हि स्थाने तु ह्योः इति उक्तं खलु द्वयोः प्रसङ्गे अत्र तु प्रत्ययस्य स्थाने हि प्रत्ययस्य स्थाने विकल्पेन तातङ्गादेशः भवति तातङ्गादेशः नित् आदेशः खलु अतः एव तत्र पठतु पठतात् पठ पठतात् इति रूपाणि द्रष्टुं शक्नुमः प्रथमपुरुषे एकवचने पठतु पठतात् मध्यमपुरुषे एकवचने पठ पठतात् इति रूपाणि द्रष्टुं शक्नुमः कदा अस्य प्रयोगः भवति क कदा इत्युक्ते अत्र आशीर्वादार्थे एव
भगिनि
इत्युक्ते आशीर्वादार्थे एव विकल्पेन पठतात् इति रूपं द्रष्टुं शक्नुमः अपि च तातङ्गादेशः अनेकालादेशः नीलं भगिनी भवती वदतु अनेकालादेशः इत्युक्ते किम्
यस्मिन् आदेशे अनेकानि वर्णानि सन्ति तदेव अनेकालादेशः
अनेकम् इति कथनेन न एकम् अनेकम् अत्र नै तत्पुरुषसमासः अस्ति खलु तातङ्ग् इत्यस्मिन् अल् इति कथनेन अल् प्रत्याहारे के के वर्णाः सन्ति
सर्वे वर्णाः
सर्वे वर्णाः अल् अल् इत्यस्मिन् किन्तु हल् इत्यस्मिन्
केवलं व्यञ्जनानि
व्यञ्जनानि उत्तमं बहु सम्यक् तातङ्ग् इति अनेकालादेशः इत्युक्ते तातङ्ग् इत्यस्मिन् एकः अल् नास्ति इत्युक्ते अनेके वर्णाः सन्ति अनेके अल्वर्णाः सन्ति इत्यतः तातङ्ग् इत्यत्र अनेके अल्वर्णाः सन्ति इति कारणतः अनेकालादेशः इति वक्तुं शक्नुमः अपि च तातङ्गादेशः नित् आदेशः अत्र इतोपि किञ्चित् चिन्तनमस्ति भवती वक्तुमिच्छति चेत् वदतु नो चेत् अग्रिमे सप्ताहे चिन्तनं करिष्यामः
तत्र बहु किमपि अस्ति वैति
किञ्चित् वदतु वदतु
प्रायशः तत्र सूत्रम् अस्ति अनेकाल्षित् सर्वस्य सो अनेकाल्षित् सर्वस्य इत्यनेन तत्र यः अनेकाल् आदेशः सः सर्वस्य स्थाने भवेत् परन्तु अत्र यः तातङ्ग् आदेशः तत् पठ तत्र केवलम् अन्ते भवति अन्तिमवर्णस्य स्थाने इत्युक्ते अलो अनन्तस्य इत्यनेन अन्तिमालस्थाने एव भवति अतः अत्र अपवादः दृश्यते इत्युक्ते अनेकाल्षित् सर्वस्य इति सूत्रस्य कृते अत्र अपवादः दृश्यते यद्यपि ञित् अपि अस्ति इत्युक्ते तत्र एकम् अन्यत् सूत्रम् अस्ति
नित्य
निच्च निच्च सो निच्च इत्यनेन अपि तत्र यद्यपि निच्च इत्यनेन किं भवति
अत्र नरसिंह हेग्डे महोदय भवान् वदतु तातङ्ग् विषये इतोपि भवान् यद् जानाति तद्वदतु
तदेव इदानीं यत् भवती उक्तवती नीलं भगिनी उक्तवती निच्च इत्यनेन कारस्य संज्ञा अस्ति अतः तत्र पूर्णतया तत् अनेकाल्षि सर्वस्य स्थाने न भवति केवलम् अन्त्यस्य स्थाने एव भवति निच्च इत्यनेन किमर्थम् इत्युक्ते कारः सौन्यकः अस्ति इति कृत्वा अत्र केवलम् अन्त्यस्य स्थाने एव तातङ्गादेशः भवति तातङ्ग् मध्ये कारस्य सौन्या अस्ति तात् इति एव अवशिष्यते अतः तात् एव आदेशः भवति अतः पठ पठतात् तादृशं रूपं भवति अनन्तरं तद् अपि तपि भवति
अपि तपि भवति
धन्यवादः
अत्र प्रथमपुरुष खलु तु इति प्रथमपुरुष एकवचनप्रत्ययस्य अथवा अपि च मध्यमपुरुष एकवचनप्रत्ययस्य स्थाने तु हि एतयोः स्थाने तात् इति आदेशः भवति इति उक्तं तर्हि अयम् आदेशः
विकल्पेन भवति
अन्यतरस्यां यदि अस्ति तर्हि तद् विकल्पेन भवति अपि च आशिषि इति उक्तमस्ति तर्हि आशीर्वादार्थे एव भवति अनेकालादेशः अस्ति अपि च अत्र अङ्कस्य इति अस्ति खलु तर्हि अत्र आदेशः कस्य इत्युक्ते अङ्कस्य इत्युक्ते अत्र इदानीम् अङ्कम् अस्ति अत्र तु इति प्रत्ययः अत्र यदा धातः आगच्छति तद् अङ्कम् अपि अस्ति इति कारणात् अङ्कस्य इत्यस्य अपि प्रसिद्धिः अस्ति
अलोन्त्यस्य इति सूत्रम् अत्र बाधितं भवति अलोन्त्यस्य इति सूत्रेण अन्तिम अल्वर्णस्य स्थाने कार्यं भवति इति सूत्रमस्ति अलोन्त्यस्य इति सूत्रं प्रबाध्य
इत्युक्ते भगिनि तत्र यः आदेशानां विषये तत्र यानि परिभाषासूत्राणि सन्ति तेषु प्रथमसूत्रम् अस्ति अलोन्त्यस्य अनन्तरं तत्र अनिकाल्षित् सर्वस्य अनन्तरं तत्र निच्च सो अलो अनन्तस्य इदानीं किं षष्टिनिर्दिष्टः आदेशः प्रायशः अन्तिमाल् स्थाने भवति अनन्तरं वदति तत्र अनेकाल्षित् सर्वस्य यदि आदेशः अनेकाल् अस्ति चेत् सः सर्वस्य स्थाने भवेत् न तु अन्तिमाल् स्थाने भवेत् अनन्तरं वदति निच्च निच्च इत्यनेन यद्यपि आदेशः अनेकाल् परन्तु नित् अस्ति चेत् तत्र अन्तिम अल् स्थाने एव भवेत् परन्तु अत्र किमपि न भवति अत्र प्रत्ययः सर्वस्य स्थाने तात् आदेशः भवति इत्युक्ते यः प्रत्ययः तिप् इति प्रत्ययः अथवा सिप् इति प्रत्ययः ते तेषां स्थाने तात् एव भवति इत्युक्ते सकारः अपि अपगच्छति इकारः अपि अपगच्छति सो यद्यपि
महोदय वदन् अस्ति वदतु महोदय
नीलं भगिनि तत्र ममापि भ्रमः अभवत् तत्र पुनः अलन्तस्य अनेकस्य इत्यनेन तत्र पुनः तत्र तदेव कार्यं भवति तत्र निश्चकार्यं न करोति यतोहि निश्च इति अस्ति परन्तु तत्र तस्य निश्च इत्यस्य अपि अपवादः अस्ति अहं चिन्तयामि तत्र पुनः अनेकाल्षि सर्वस्य इत्यनेनैव कार्यं करोति
इत्युक्ते अत्र अलोन्त्यस्य इति उत्सर्गसूत्रमस्ति परिभाषासूत्राणि इमानि तत्र अलोन्त्यस्य इति सूत्रं प्रबाध्य अनेकाल्षित् सर्वस्य इति अपवादसूत्रेण कार्यं भवति अत्र तातङ्गादेशः अनेकाल अस्ति इति कारणतः सर्वादेशः भवति न तु अन्त्यादेशः
अनन्तरं तत्र महोदये तत्र तात् इति अस्ति तत्र जलाञ्जशन्ति इत्यनेन तात् इति अपि भवति विकल्पेन तत् रूपद्वयमपि भवति भवतात् भवताद्
ओ अस्तु उत्तमम् अस्तु इतोपि अत्र नीलं भगिनी इतोपि वदतु अत्र किं चिन्तनं बहु किमपि चिन्तनमस्ति गभीरचिन्तनम् अग्रिमे सप्ताहे पठिष्यामः वदतु
इत्युक्ते भगिनी अत्र व्याकरणशास्त्रे अलो अनन्तस्य अनेकाल्षित् सर्वस्य निच्च सर्वत्र कार्यं करोति केवलम् अत्र एव अपवादः दृश्यते इत्युक्ते तातङ्गविषये ये अन्यनित् आदेशाः अनेकाल् सन्ति ते तेषां विषये कोऽपि अपवादः नास्ति परन्तु तातङ्गविषये एव अपवादः एतत् सूत्रस्य विषये एव अपवादः यद्यपि अनेकाल् अस्ति नित् अपि अस्ति तथापि सूत्राधारेण तु परिभाषासूत्राधारेण तु अन्तिमस्थाने भवेत् परन्तु सर्वस्य स्थाने भवति परन्तु ये अन्य तत्र अष्टाध्यायीग्रन्थे ये अन्य अनेकाल् अपि च नित् आदेशाः ते तु केवलम् अन्तिमस्थाने एव भवन्ति परिभाषासूत्राधारेण परन्तु एतस्य तातङ्गविषये एव तत्र किञ्चित् भ्रमः जायते इत्युक्ते अतः तत्र एतस्य विषये स्पष्टतया काशिकाकारेण तत्र उक्तं तातङ्गः एव तत्र किञ्चित् तत्र भ्रमः जायते अन्यत्र कुत्रापि न तत्र भ्रमः अस्ति केवलं तातङ्गविषये अतः अलो अनन्तस्य अनेकाल्षित् सर्वस्य निच्च एतानि परिभाषासूत्राणि त्रीणि तत्र तेषां प्रयोगः भवति सर्वत्र केवलम् अत्र एव तत्र ब्रह्मः तातङ्गविषये
अस्तु उत्तमम् अत्र वीणा भगिनी भवती वदतु
अत्र तू हि इति एतयो प्रत्ययः इदानीं पित् अस्ति खलु मिप् स्थाने तिप् स्थाने आगच्छति इति कारणात् तर्हि अत्र इदानीं तातङ् इति आदेशः यदा भवति अयम् आदेशः ङित् अस्ति खलु
महोदय उक्तवान् एव अत्र तातङ्ग आदेशः नित् आदेशः अस्ति इत्यतः पित्वं नास्ति सार्वधातुकम् अपि
तस्य वारणं भवति तदेव प्रश्नः वारणं भवति वा न वा भवति एव
तदेव चिन्तनम् अस्ति भगिनि तदेव चिन्तनम् अत्र यः नकारः तत्र नित् चैतन्येन यः नकारः दत्तं तद् अत्र न इष्टम् अत्र तु अनुकार्यस्य कृते निषेधः तदेव उक्तम् अतः अत्र नित् इति स्थापितं सो अत्र नित् इत्यस्य तत्र तदेव कार्यमस्ति न तु आदेशः नित्वं
न तदेव
तदेव
अस्तु इतोपि स्पष्टतया अवगन्तुं पठनीयमेव अग्रिमान् विषयान् पठित्वा एव अवगन्तुं शक्नुमः वीणा भगिनी भवती पठितवती वा पूर्वं वक्तुमिच्छति वा
तदेव भगिनी पठतु पठतात् इति रूपद्वयं भवति तत्र पठतात् अन्यतरस्याम् इति विवक्षा अस्ति चेत् आशीर्वादरूपेण आगच्छति तत्र अस्य प्रसक्तिः भवति तत् नित् तातं नित् अस्ति अतः तत्र अपित्वम् आरोपणं भवति अतः तत्र गुणः न भवति तावदेव तत्र पठतात् इति आशीर्वादरूपेण आगच्छति इति अहं मन्ये ते तत् सर्वस्य सूत्र सर्वेषां सूत्राणां प्रसक्तिः न भवति एव तत्र निच् तत् किम् अनेकाल्चेत् तत् प्रसङ्गः एव नास्ति तातङ्ग् इति अस्ति गुण प्रसक्तिः न भवति तावदेव आशीर्वादरूपे अन्यतरस्याम् इति सूत्रेण रूपद्वयं भवति अत्र आशीर्वाद अर्थे अस्ति चेत् पठतात् भवतात् इति रूपं भवति इति मम अवगमनम्
इत्युक्ते अत्र तातङ्गादेशः कीदृशः इत्युक्ते अत्र अनेकाल्षित् सर्वस्य इति चिन्तनं करणीयमेव अस्तु अत्र परिभाषासूत्राणि कानिचन परिभाषासूत्राणि प्रसक्तानि तेषां विषये अपि चिन्तनं करणीयम् अत्र बोनस् इति दत्तमस्ति तस्मात् आरभ्य एकवारं पठन्तु तातङ्ग् प्रसङ्गे अग्रिमे सप्ताहे इतोपि पठित्वा चिन्तनं करिष्यामः इदानीम् अत्र स्थगयामः सर्वेषां धन्यवादाः
धन्यवादः धन्यवादः।